अस्तु, गतवर्गे लक्षणग्रन्थे अस्माकं प्रवेशः जातः, यत्र अस्माभिः द्रव्याणां लक्षणवाक्यानि परिशीलितानि. द्रव्याणां निरूपणं कथं भवति लक्षणवाक्यस्य माध्यमेन इति अस्माभिः दृष्टं. तत्र च लक्षणम् इति यद् मन्यामहे तस्मिन् अव्याप्ति अतिव्याप्ति असम्भवदोषाः न स्युः इति दृष्टवन्तः. अपि च गन्धवती पृथिवी इति लक्षणवाक्यम् अस्ति, तदेव वाक्यं गन्धवत्वं पृथिव्याः लक्षणम् इत्यनेन मार्गेणापि वक्तुं शक्नुमः. गन्धवत्वं पृथिव्याः लक्षणम् इति वदामश्चेत् तत्र लक्षणं प्रथमाविभक्त्यां भवति गन्धवत्वम् इति, तदा साक्षात् लक्षणस्य निर्देशः प्राप्यते. तादृशलक्षणकथनशैली तटस्थलक्षणम् इत्यपि उच्यते इति परिशीलितवन्तः. ततः अग्रे गत्वा शीतस्पर्शवत्यः आपः, उष्णस्पर्शवत्तेजः, रूपरहितस्पर्शवान् वायुः इत्यादीनां वाक्यानामपि परिशीलनं सञ्जातमासीत्. तस्मिन् समये एकः प्रश्नः आगतः आसीत् यद् अस्तु, शीतस्पर्शवत्यः आपः इति उच्यते चेत् तत्र शीतस्पर्शः इति विलक्षणगुणः जले अस्ति अथवा अप्सु अस्ति इति आगच्छति. पुनः तस्मिन्नेव वाक्ये, अहम् अधुना द्विचत्वारिंशत्तमे पुटे अस्मि, तत् पश्यन्ती अस्मि, सर्वे तत्र पश्यन्तु, शीतस्पर्शवत्यः आपः ताः द्विविधाः नित्यानित्याश्च, नित्या परमाणुरूपाः, अनित्या कार्यरूपा, पुनस्त्रिविधा शरीरेन्द्रियविषयभेदात् इति आगच्छति. तादृशशरीरेन्द्रियविषयभेदः प्रत्येकं लक्षणवाक्ये, प्रत्येकस्मिन् लक्षणवाक्ये अपि अस्ति. जलस्य लक्षणवाक्ये, तेजसः लक्षणवाक्ये, वायोः लक्षणवाक्ये अपि अस्ति. अत्र उक्तम् अस्ति इन्द्रियं रसग्राहकं रसनं जिह्वाग्रवर्ति इति. एतदस्ति जलस्य लक्षणवाक्ये अथवा अपां लक्षणवाक्ये. तस्य विलक्षणः गुणः तु शीतस्पर्शः, परन्तु इन्द्रियम् इति यदस्ति तद् रसनमस्ति, रसग्राहकं न तु स्पर्शग्राहकं. तद्वदेव तेजसः लक्षणवाक्यमपि पश्यन्तु, तत्र उष्णस्पर्शवत्तेजः इति अस्ति. उष्णस्पर्शः तेजसः विलक्षणः गुणः, किन्तु इन्द्रियम् अस्ति रूपग्राहकं, चक्षुः अस्तु, न तु स्पर्श उष्णस्पर्शस्य ग्राहकः. तर्हि तत्र प्रश्नः आगच्छत् यद् अस्तु, तर्हि कथञ्चित् समन्वयः भवति वा विलक्षणगुणस्य इन्द्रियस्य इति. तर्हि अत्र वक्तव्यमस्ति यद् एषु लक्षणवाक्येषु इन्द्रियं स्वयं कीदृशपदार्थः इति विषयः, न तु इन्द्रियं कं गुणं गृह्णाति इति विषयः. शीतस्पर्शवत्यः आपः इति भवतु नाम विलक्षणगुणः, परन्तु शीतस्पर्शस्य ग्राहकम् इन्द्रियं लक्षणवाक्ये न प्रविष्टः, अपि तु रसनं जिह्वाग्रवर्ति. रसनम् इत्युक्ते जिह्वा यद् रसः गृह्यते, तादृशम् इन्द्रियं लक्षणवाक्ये प्रविष्टमस्ति. किमर्थम् इति चेत् रसनम् इति इन्द्रियं स्वयं जलीयं पदार्थः, तद्वद् चक्षुः इति इन्द्रियं स्वयं तैजसपदार्थः अथवा तैजसं द्रव्यं. यथा सुवर्णं तैजसं द्रव्यमासीत् तद्वदेव चक्षुः स्वयं तैजसं द्रव्यं. तदर्थमेव लक्षणवाक्ये तस्य उल्लेखः क्रियते, उष्णस्पर्शस्य ग्राहकत्वेन न अपि तु स्वयं कीदृशं द्रव्यमस्ति चक्षुः इति चेत् तैजसं, तदर्थं तत्र अस्ति. तद्वदेव रूपरहितस्पर्शवान् वायुः इत्यत्र वायवीयम् इन्द्रियमस्ति त्वग् इति, इन्द्रियं स्पर्शग्राहकं त्वक्. अत्र समन्वयः दृश्यते, स्पर्शः रूपरहितस्पर्शः इति विलक्षणस्पर्शः वायोः लक्षणम्, इन्द्रियमपि स्पर्शग्राहकं त्वक्. अत्र किञ्चित् साम्यं वर्तते, किन्तु सः विषयः नास्ति अत्र. त्वक् स्वयं वायवीयम् इन्द्रियम् इति विषयः. तद्वदेव पृथिव्याः स्थले अपि ग्राणं स्वयं पार्थिवपदार्थः अथवा पार्थिवम् इन्द्रियं, कीदृशं ग्राणं कीदृशः पदार्थः इति प्रश्ने कृते पार्थिवपदार्थः इति उत्तरम् आगच्छति. तदर्थमेव पृथिव्याः लक्षणवाक्ये इन्द्रियम् इत्यस्यां श्रेण्यां घ्राणम् इति स्थापितं. तद्वदेव सर्वत्र. अत्र कस्यचित् किमपि चिन्तनमस्ति वा अथवा कोऽपि भ्रमः अस्मिन्?
भगिनी, इत्युक्ते घ्राणेन्द्रियम् उदाहरणरूपेण पार्थिवपरमाणुना निर्मितम् इति वक्तुं शक्नुमः वा?
सत्यम्, आम् महोदय, इति एव अस्ति. तद्वदेव रसनमपि जलीयपरमाणु अवयवपरम्परायाम् आगच्छति. रसनं जलीयपरमाणूनां सहायेन रसनं निर्मितं भवति, तथा चक्षुः तैजसपरमाणूनां सहायेन.
इन्द्रियमपि द्रव्यमेव.
एकनिमिष,
इन्द्रियमपि द्रव्यमेव.
सत्यं. हा, अन्यस्य कस्यचित्?
आम्, सन्ध्यास्मि भगिनी. भवती उक्तवती तत् किमर्थं तत्तद् इन्द्रियम्, उदाहरणार्थं तत्र चक्षु इति तैजसम् इन्द्रियं किमर्थम् इति अग्रे तस्य प्रमाणं सर्वम् अग्रे आगच्छति
प्रायः इति चिन्तयामि, इति उक्तमासीत् इति चिन्तयामि. तत्तु यथा वयं साधितवन्तः सुवर्णं तैजसम् इति साधितवन्तः खलु, तेषां तर्कं दृष्ट्वा तथा कोऽपि तर्कः स्यात् नैयायिकानाम् इति अस्ति. किन्तु मम चिन्तनं तु अस्ति यत् रूपं प्रथमवारम् आगतं तेजसि, स्पर्शः इति प्रथमवारम् इत्युक्ते द्रव्यस्य श्रेण्यां दृष्ट्वा गच्छामश्चेत् आकाशकालः दिगात्मा मनः तेषु किमपि नास्ति. प्रथमवारं शब्दः आगतम् आकाशे, तर्हि तद् ग्राहकः पदार्थः कोऽपि स्यात् खलु आकाशदेशे. तदर्थं श्रोत्रम् इति आकाश इन्द्रियं तथा किमपि स्यात् तेषां. किन्तु हा, परिशीलयिष्यामः अग्रे किमर्थम् इन्द्रियं कश्चन पदार्थः इति. अस्तु, के सन्ति नूतनतया? सन्ध्या भगिनी अस्ति, अनन्तरं
वर्धने अस्मि. नमस्कारः.
नमस्कारः भगिनी. अनन्तरं कोऽपि अस्ति वा? अस्तु, जनद्वयेन आगतम्. अस्तु, तर्हि इतः अग्रे सरेम. रूपरहितस्पर्शवान् वायुः इति दृष्टवन्तः. तत्रापि दलद्वयम् आवश्यकमासीत् वायोः लक्षणकथनसन्दर्भे, यतोहि वायौ न केवलं विलक्षणस्पर्शः अस्ति अपि च रूपमपि नास्ति. एकमेव वदामश्चेत् तत्र अतिव्याप्ति दोषो भवति इति कृत्वा रूपरहितस्पर्शवान् वायुः इति आगतम्. आकाशः इति यद्द्रव्यमस्ति तत्र पञ्चचत्वारिंशत्तमे पुटे पश्यन्तु, सर्वे पश्यन्ति इति चिन्तयामि. पञ्चचत्वारिंशत्तमे पुटे तत्र उक्तमस्ति क्रमप्राप्तम् आकाशं निरूपयति इति. क्रमेण पृथ्वी, जलं, तेजः, वायुः इति आगत्य आकाशं निरूपयन्ति अधुना पञ्चचत्वारिंशत्तमे पुटे. तत्र शब्दगुणकम् आकाशं तच्चैकं विभुः नित्यञ्च इति उच्यते. तत्र च कश्चन भेदः दृश्यते. लक्षणवाक्यानि एतावत् पर्यन्तं यानि आसन् तादृशवाक्यं नास्ति. अस्तु, शरीरेन्द्रियविषयभेदः नास्ति, अपि च आकाशस्य पुनः नित्या नित्या इति द्वैविध्यं नास्ति. केवलम् उच्यते यत् शब्दगुणकम् आकाशं, नाम शब्दः गुणः यस्य सः इति, तादृशपदार्थः अस्ति आकाशम् इति तैः उच्यते. अत्र वक्तव्यमस्ति यद् गुणशब्दः स्थापितः लक्षणवाक्ये, गुणः इति एक्स्प्लिसिट्लि ते वदन्ति. यतोहि अत्र उक्तमस्ति यद् मीमांसकैः शब्दः गुणः इति न अङ्गीक्रियते. तस्य निराकरणाय नैयायिकैः पौनेन उच्यते यद् अस्तु, शब्दः गुणः, आकाशे वर्तते आकाशम् इति द्रव्यं, शब्दस्य समवायेन आश्रयः भवति इति वदनार्थं शब्दगुणकम् आकाशम्.
भगिनी कोणकोणैः शब्दं किं
पुनः पुनः तावदेव शब्दः इति न केवलं वदन्ति ते तत्र शब्दः गुणः सहगुणः आकाशे अस्ति इति वदन्ति अस्तु ततः अग्रे वयम् आधेयतानां सम्बन्धावच्छेदकं सम्बन्धावच्छेदकं दृष्टवन्तः तदाधारेण प्रतियोगितायाः अपि सम्बन्धावच्छिन्नत्वं दृष्टवन्तः वस्तुतः तस्य आवश्यकता अत्र अस्ति आकाशस्य निरूपणसन्दर्भे सम्बन्धस्य अवच्छेदकत्वस्य आवश्यकता अस्ति इति अग्रे परिशीलयिष्यामः अष्टचत्वारिंशत्तमपुटं पश्यन्तु रामप्रिया भगिनी पठति वा तत्र अन्तिमवाक्यात् आरभ्य
काले विषयता सम्बन्धेन इति वा
अष्टचत्वारिंशत् 48 इति कुत्र अस्ति भवती
प्रकृते
नाम अस्मात् पूर्वं वयं किं दृष्टवन्तः पूर्वमेव कृतवन्तः प्रतियोगितायाः अवच्छेदकता अस्ति सम्बन्धे इति दृष्टवन्तः खलु तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिता तद्वदेव आधेयता घटः काले कालिकेन कपाले समवायेन इत्यादिकं दृष्ट्वा आधेयतायाः अवच्छेदकसम्बन्धः भवति इति तस्याः चर्चायाः प्रयोजनम् अत्र अस्ति इति ते प्रदर्शयन्ति आकाशस्य निरूपणसन्दर्भे तस्याः चर्चायाः प्रयोजनमस्ति अस्तु अग्रे पठतु भगिनि प्रकृते
प्रकृते आदेयत्वस्थले समवायादिसम्बन्धैः घटः कपालादिषु इव शब्दोऽपि समवायेन आकाशे कालिकेन काले विषयतासम्बन्धेन स्वविषयकप्रत्यये वर्तते इति बहुविध आदेयताः शब्दे वर्तन्ते तासु या समवायसम्बन्ध अवच्छिन्न आधेयता तन्निरूपित अधिकरणतावत्त्वमेव प्रकृते लक्षणमिति बोधनाय गुणपदम् उपातम् गुणगुणिनोः समवायस्य प्राक् व्यवस्थापनेन गुणपदेन तयोः यः समवायसम्बन्धः तस्यैव उपस्थिता तत् सम्बन्ध अवच्छिन्न आदेयत्वलाभः इति इत्थमेव च ज्ञानाधिकरणमात्मा इत्यत्रापि अधिकरणपद निवेशप्रयोजनं वक्ष्यते एतत्तु आदेयत्वस्थले किं भवति इति अस्ति आदेयत्वस्थले समवायसम्बन्धैः घटः कपाले एतत् पूर्वस्मिन् पुटे एतत् चित्रमस्ति तस्य विवरणं किल
तदस्ति खलु तत्र पञ्चचत्वारिंशत्तमे पुटे यदस्ति तद्वत् शब्दः
समवायेन आकाशे अस्ति यदा घटः कपालादिषु इव शब्दः समवायेन आकाशे घटः कालिकेन काले
तत्र घटः इति समाप्तः इव इत्यस्मात् शब्दस्य विषयः शब्दः समवायेन आकाशे
कालिकेन काले विषयतासम्बन्धेन स्वविषयकप्रत्यये किमपि प्रत्ययः अस्ति चेत् स्वविषयकप्रत्यये वर्तते
प्रत्ययः इत्युक्ते ज्ञानम् अयं शब्दः इति ज्ञाने तथा
ज्ञानम् बहुविध आदेयताः शब्दे वर्तन्ते एतद् बहुविध आदेयताः शब्दे वर्तन्ते
किन्तु अस्माकं किम् अवधानम् अत्र कीदृशी आधेयतायां स्यात् बहुविध आधेयताः शब्दे वर्तन्ते इति सत्यं किन्तु अस्माकं महत्त्वं कुत्र अवधानं कुत्र भवेत् आकाशस्य निरूपणसन्दर्भे
आकाशस्य निरूपणसन्दर्भे इत्युक्ते
अग्रिमवाक्यं पठतु
तासु या समवायसम्बन्ध अवच्छिन्न आदेयता तन्निरूपित अधिकरणतावत्त्वमेव प्रकृते लक्षणम् इति बोधनाय गुणपदम् उपातम्. एतद् आधेयतासु समवायसम्बन्ध अवच्छिन्न आधेयता तद् निरूपित अधिकरणतावत्त्वं प्रकृते लक्षणम्
आकाशस्य लक्षणम्
आकाशस्य लक्षणम् इति एतद्विषयं बोधनाय एव तद् गुणपदम् उपयुक्तम् अत्र.
हा इत्युक्ते लक्षण आकाशस्य लक्षणवाक्ये
लक्षणवाक्ये
वस्तुतः आकाशस्य लक्षणवाक्यानन्तरमेव इयं चर्चा अस्ति. यद्यपि वयं पूर्वं कृतवन्तः तदर्थमेव ते वदन्ति समवायसम्बन्धावच्छिन्न आधेयतायाः प्रयोजनम् अत्र अस्ति इति.
गुणगुणिनोः समवायस्य प्राक् व्यवस्थापने गुणपदेन तयोः यः समवायसम्बन्धः तस्यैव उपस्थिता तत् सम्बन्ध इत्युक्ते समवायसम्बन्ध अवच्छिन्न आधेयता आधेयत्वलाभः इति.
तत्र नूतनं किमपि नास्ति, शब्दगुणकम् आकाशम् इति उक्तं खलु. गुणगुणिनोः समवायः इति प्राग् निरूपितं, गुणपदेन तयोः समवायः इति अपि जानीमः, तदर्थमेव तस्य उपस्थितिः अस्ति. अन्तिमवाक्यम्
एतदेव ज्ञान अधिकरण आत्मा इत्यत्रापि अधिकरणपद निवेशप्रयोजनं वक्ष्यते. ज्ञानाधिकरणमात्मा तत्रापि एतद् एवं रीत्या एव अधिकरणपदं निवेशप्रयोजनं वक्ष्यते.
अधिकरणपदनिवेशनम् इत्युक्ते लक्षणवाक्ये प्रविष्टः अधिकरणपदम् अधिकरणम् इति शब्दः लक्षणवाक्ये प्रविष्टः किमर्थं चेत् एतादृशः एव लाभः अस्ति आधेयतां दृष्ट्वा इति. अस्तु इति
भगिनी इत्युक्ते ज्ञान आत्मनोः गुणगुणिनसम्बन्धः अस्ति वा?
सत्यम् आत्मनि ज्ञानम् इति गुणः अस्ति. अस्तु समीचीनमस्ति. तर्हि मनसि भवेत् यद् पृथ्वी जलं तेजः वायुः एतेषां लक्षणवाक्यम् एकविधमासीत्. गन्धवती पृथ्वी किं शीतस्पर्शवत् वत्यः आपः इत्यादिकम्. आकाशस्य किञ्चित् भिन्नम् अस्ति, शब्दगुणकम् आकाशं. तत्र पुनः विभजनं न कृतं, नित्या अनित्या इति विभजनं नास्ति, यतोहि आकाशः नित्यः एव. पुनः शरीरेन्द्रियविषयभेदात् अपि खण्डनं नास्ति, यतोहि आकाशः विभुः, तस्य पुनः खण्डनं न भवति खलु. वयं जानीमः एव कालः अपि तथा इति, तेषां खण्डनं न भवति इति अस्ति. अस्तु तर्हि अग्रिमविषयः अस्ति प्रतिनियतग्राह्याः गुणाः इति. तत्र राजेन्दर् महोदय पठति वा अग्रे?
आम् आं भगिनि. इदानीं प्रतिनियतग्राह्याः गुणाः अर्थं किम् इति वक्तुम् इच्छन्ति तत्
अग्रे पठतु. भवान् एव पठतु, अवगच्छति.
रूपं
अस्तु लक्ष्मी भगिनि. अस्तु पठतु महोदय.
रूपं रसः गन्धः स्पर्शः शब्दश्चेति गुणाः प्रतिनियतग्राह्याः इति शास्त्रे व्यवह्रियन्ते. तेषाम् एकैकस्य एकैकमेव इन्द्रियं ग्राहकं वक्षमानप्रत्यक्षात्मकज्ञानजनकम्. अन्ये अपि सुखदुःखादयः ये आत्मविशेषगुणाः तेषां प्रत्यक्षजनकत्वेन मनः इति अतिरिक्तम् इन्द्रियम् अनुमीयते. रूपं रसः गन्धः स्पर्शः शब्दश्चेति गुणाः प्रतिनियतग्राह्याः. प्रतिनियतग्राह्या न अवगच्छामि.
अग्रिमवाक्यं पठतु.
इति शास्त्रे व्यवह्रियन्ते. तेषाम् एकैकस्य एकैकम् एव इन्द्रियं ग्राहकं यथा रूपं रसः गन्धः स्पर्शः तत् एकैकम् इन्द्रियं तेषां ग्राहकम् अस्ति
तदेव अस्ति नियतग्राह्याः इत्युक्ते एकैकस्य गुणस्य एकैकम् एव इन्द्रियं ग्राहकं
ग्राहकम् वक्षमान प्रत्यक्ष आत्मकज्ञान जनकम्
वक्षमाण प्रत्यक्षात् इत्युक्ते वक्ष्यमाण इत्युक्ते भविष्यत्कालप्रयोगः शानच् तत्र अग्रे उच्यते ज्ञानजनकमपि एकम् इन्द्रियम् अस्ति तदग्रे उच्यते
अन्य अपि सुखदुःखाय ये आत्मविशेषगुणाः तेषां प्रत्यक्षजनकत्वेन मनः इति अतिरिक्तम् इन्द्रियम् अनुमीयते यदा सुखदुःखः अनुभूयते तत्र मनः मनः इन्द्रियम् अस्ति तेषां कृते विशेषगुणः आत्मविशेषगुणः ये सुखदुःखाः विशेषगुणाः सन्ति तेषां प्रत्यक्षजनकत्वेन मनः अतिरिक्त यथा रूपं रसगन्धस्पर्श कृते नियतग्राहकाः सन्ति तेषाम् अन्यत्र इन्द्रियम् अस्ति मनः मनः ये सुखदुःख आदाय अनुभूति अनुभूयते
हा समीचीनमस्ति तर्हि अग्रे कोष्टकमपि एकवारं पठतु महोदय सारांशत्वेन अस्ति
प्रतिनियतग्राह्या गुणाः तत् ग्राहकाणि इन्द्रियाणि रूपं चक्षु अस्ति इन्द्रिये रसः
अस्तु अत्र रूपस्य ग्राहकम् अन्यत् किमपि अस्ति वा चक्षुः विहाय
न भवति
इत्यर्थमेव प्रतिनियतग्राह्यः गुणः अस्ति रूपं तावदेव
रसः रसनं जिह्वा अग्रे यथा अनुभूयते तत्र रसः गन्धः घ्राणं तत्रापि एकमेव इन्द्रिय अस्ति तत् गन्धः अनुभूयते तथा स्पर्शः त्वक् स्पर्शः तु त्वक् त्वचा यथा अस्माकमस्ति तत्र स्पर्शः अनुभूयते शब्दः श्रोत्रं यथा आकाशस्य गुणः शब्दः अस्ति शब्दनाम्ना गुणः आकाशे श्रोत्रम् इन्द्रिय अस्ति तत्र षट् ज्ञानाद्यात्मगुणाः मनः ज्ञानाद्यात्मगुणाः मनः षष्ठं इन्द्रिय अस्ति मनः येन ज्ञानम् अनुभूयते एवं वा भगिनि
हा षष्ठम् इन्द्रियमस्ति मनः इति सत्यं किन्तु अत्र षड् इति यदुक्तं तद्दु गुणस्य विषये अस्ति वस्तुतः आत्मनि नवगुणाः सन्ति अस्तु गुणस्य पङ्क्त्यां पश्यति चेत् बुद्धिः इत्यस्मात् आरभ्य बुद्धिः इत्युक्ते ज्ञानमेव पर्यायवाचि शब्दः बुद्धिः अथवा ज्ञानम् इति एकः गुणः अनन्तरं सुखदुःख इच्छा द्वेषः प्रयत्नः धर्मः अधर्मः संस्कारः इति नव आत्मनः गुणाः तेषु गुणेषु षड्गुणाः एव मनसा गृह्यन्ते इति नाम ज्ञानं सुखः सुखं दुःखम् इच्छा द्वेषः प्रयत्नः एते षड्गुणाः मनसा गृह्यन्ते इति कृत्वा मनः अपि एकम् इन्द्रियम् अपि च अत्रापि स्मर्तव्यमस्ति यद् एते षड्गुणाः केवलं मनसा एव गृह्यन्ते न तु अपरेण इन्द्रियेण इति कृत्वा ते अपि प्रतिनियतग्राह्याः इति उच्यते बुद्धं
वा
अस्तु तर्हि
भगिनि रूपस्य विषये किञ्चित् चिन्तनमस्ति मम रूपम् इति शब्दस्य प्रसिद्धरूपेण द्वौ अर्थौ स्तः एकं तु वर्णः कलर् अन्यं तु आकारः फार्म्
तर्हि किं चिन्तनं
यदि वर्णः इति स्वीकुर्मः चेत् चक्षुरेव तत् तस्य इन्द्रियं भवितुम् अर्हति किन्तु फार्म् इति स्वीकुर्मः चेत् त्वकपि रूपस्य ज्ञानं ददाति
सत्यं हा समीचीनमेव चिन्तनं. अन्य किं चिन्तयन्ति? किन्तु यावत् अहं जानामि न्यायशास्त्रे रूपम् इत्युक्ते वर्णः एव. न्यायशास्त्रे इति न नाम अस्मिन् पुस्तके न्यायशास्त्रे भवान् यथा वदति तथा अस्ति अस्ति वा फार्म् अपि च कलर्
इति अहं श्रुतवान् इति भाति के कानिचन सन्दर्भे यदि न्यायपण्डितानां मध्ये चर्चा भविष्यति ते वदन्ति रूपस्य इन्द्रियद्वयमस्ति एकं तु चक्षुः अन्यं तु त्वक् इति.
हा अस्तु इति एकं चिन्तनं स्यात् किन्तु प्रायः दशमे पुटे पश्यतु तत्र एकं एका चर्चा आसीत् शब्देपि वर्णः इति व्यवहारः वर्तते अतः वर्णः इत्युक्तौ संशयः भवति अतः इतः वर्णे रूपम् इति व्यवहरामः इति तस्मिन् सन्दर्भे उक्तमासीत् रूपम् इत्युक्ते वर्णः एव इति उक्तमासीत् परन्तु एतदपि नैयायिकाः वदन्ति वा इति प्रष्टव्यम्. अस्तु
चिन्तनमस्ति तत् स्थापयामि तावदेव.
अस्तु 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 वस्तुतः अहं प्रश्नानाम् एकम् आवलीं रचयन्ती अस्मि तादृशप्रश्नाः भवन्ति चेत् कृपया प्रेषयन्तु मह्यं तत्र सर्वं स्थापयामि. अस्तु तर्हि रूपम् इत्युक्ते वर्णः इति चिन्तयित्वा चक्षुः एव भवति तस्य ग्राहकम् इन्द्रियम् इति वक्तुं शक्नुमः. अधुना तादृशगुणः अस्ति वा यद् एकेन इन्द्रियेण न अपि तु एकाधिकम् एकाधिकेन इन्द्रियेण ग्रहीतुं शक्यते इति किमपि चिन्तनमस्ति वा तत्र? रूप रस गन्धस्पर्शशब्दः षडात्मगुणाः तान् विहाय
परिमाणम् इति स्वीकुर्मश्चेत् उदाहरणार्थं चक्षुर् अनन्तरं त्वक् एतद्वयमपि तस्य ज्ञानं दातुं शक्नोति.
समीचीनम् इति एव अहमपि चिन्तयामि. संख्या अपि तथा चक्षुषा अपि तत् त्वचा अपि ग्रहीतुं शक्यते इति संख्या तादृशगुणाः सन्ति किन्तु एते प्रतिनियतग्राह्याः इति अस्ति. अपि च संख्या इति गुणः आत्मनि अपि अस्ति तर्हि प्रायः मनसा अपि गृह्यते इति इतोपि एकम् इन्द्रियम् आगतम्. अस्तु तर्हि मनः इति आभ्यन्तरम् इन्द्रियं चक्षुः रसनं घ्राणं त्वक् श्रोत्रं बाह्येन्द्रियाणि इति बहिरिन्द्रियाणि अथवा बाह्येन्द्रियाणि इति उच्यते अग्रिमपरिच्छेदे तावदेव अस्ति. अधुना ततः अग्रे पञ्चाशत्तमे पुटे तेषु चक्षुस्त्वं मनांसि इत्यस्मात् आरभ्य भारती भगिनी पठति वा?
कुत्र तथा च पूर्वोक्तगुणानां
न भगिनि ततः अग्रे गच्छतु अग्रिमपुटं गत्वा तेषु इत्यस्मात् आरभ्य
तेषु चक्षुः त्वक् मनांसि गुणस्य एव तदाश्रय इन्द्रियस्य अपि प्रत्यक्षं जनयन्ति चक्षुषा रूपस्य इव तदाश्रयस्य घटादेः अपि प्रत्यक्ष उत प्रत्यक्ष उत
उपादनात्
भवती हि उन्मीलनयनस्य पुंसः नीलो घटः इति प्रत्यक्षात्मकं ज्ञानम् एवमेव त्वक् इन्द्रियमनसोः अपि आश्रयग्राहकत्वं बोध्यम् अन्येषु त्रिषु इन्द्रियेषु रसनेन्द्रिय घ्राणेन्द्रिययोः गुणमात्रग्राहकता न तु द्रव्यम् अपि ताभ्यां ग्राह्यते यद्यपि गुणः चक्षुषा ग्राह्यते इति न सः अतीन्द्रियः तथापि घ्राणरसनयोः गुणाश्रयग्राहकत्वं नास्ति. घ्राणं गन्धस्य रसना रसस्य च जनयति प्रत्यक्षम्. तेषु चक्षुः त्वक् मनांसि इन्द्रियेषु चक्षुः त्वक् मनांसि गुणस्य एव तदाश्रय द्रव्यस्यापि प्रत्यक्षं जनयति. चक्षुः त्वक् मनांसि प्रत्यक्षं ग्राह्यति, प्रत्यक्षं जनयन्ति.
हा, कस्य प्रत्यक्षं जनयन्ति?
गुणस्य
अपि च
द्रव्यस्यापि.
नाम इदानीं भवती फलं पश्यति इति चिन्तयतु, रक्तवर्णं रक्तवर्णीयं सेवफलं पश्यति चेत् चक्षुषा रक्तवर्णमपि गृह्यते, अपि च रक्तवर्णस्य आश्रयः कः? फलमपि गृह्यते खलु चक्षुषा. तदेव अत्र उक्तं, गुणस्यैव तदाश्रय द्रव्यस्यापि. तद्वदेव त्वचा अपि, यत्किमपि वयं स्पृशामश्चेत् तत्र वयं ज्ञातुं शक्नुमः. अस्तु, स्पर्शः अस्ति इति ज्ञातुं शक्नुमः, अपि च इदं पृथ्वी अस्ति वा, जलम् अस्ति वा, तेजः अस्ति वा इति अपि ज्ञातुं शक्नुमः त्वचा. खलु मनः इति मनः इति आत्मसम्बद्ध इन्द्रियम्, अपि च इत्युक्ते मनः ज्ञानमपि गृह्णाति, आत्मनि विद्यमानं ग्राणमपि ज्ञानं गृहीत्वा आत्मनः अपि ज्ञानं जनयति इति.
द्रव्यं चक्षुषा रूपस्य इव तदाश्रयस्य घटादि अपि प्रत्यक्ष उपादनात्.
तावदेव उक्तं, रूपस्य इव तदाश्रय घटस्यापि प्रत्यक्षोत्पादनं भवति इति चक्षुषा.
भवती उन्मीलिननयनस्य पुंसः नीलोघटः इति प्रत्यक्षात्मकं ज्ञानं रूपं तादृशरूपं चक्षुषा प्रत्यक्षम् इति ज्ञानं जनयति. एवमेव त्वगिन्द्रिय मनसोः अपि आश्रयग्राहकत्वं बोध्यं. त्वक् इन्द्रियस्य बुद्धिं आश्रयग्राहकं बोध्यम्
इत्युक्ते आश्रयः, गुणस्य आश्रयः यः कोऽपि भवति, यत्किमपि द्रव्यं भवति तस्य ग्राहकत्वम् अपि अस्ति. कुत्र?
इन्द्रियस्य,
त्वगिन्द्रियस्य अपि च मनसः अपि इति उक्तम्.
अन्येषु त्रिषु इन्द्रियेषु रसनेन्द्रिय घ्राणेन्द्रिययोः गुणमात्रग्राहकतः गुणमात्रं ग्राहकता न तु द्रव्यमपि ताभ्यां ग्राह्यते. रसन इन्द्रियेण घ्राणेन्द्रियेण त्रिषु इत्युक्ते कुत्र अस्ति?
भवती एव वदतु. षड् इन्द्रियाणि सन्ति चेत् अधुना चक्षु त्वक् अपि च मनः इत्येषां चर्चा जाता. अन्ये अवशिष्टानि कानि इन्द्रियाणि अन्यानि?
रसन इन्द्रिय,
घ्राणेन्द्रियं,
घ्राणेन्द्रियं, श्रोत्रं.
हा, श्रोत्रम्. अस्मिन् वाक्ये तु रसनेन्द्रियं घ्राणेन्द्रियम् इत्यस्य विषयः.
गुणमात्रं ग्राह्यते नातु द्रव्यम् एतेन.
गृह्यते इति अस्ति कर्मणि प्रयोगः, गृह्यते एतेन गुणमात्रग्राहकत्वम् अथवा गुणमात्रग्राहकता न तु द्रव्यमपि ताभ्यां गृह्यते इति तु सत्यं खलु. वयं किमपि खादामश्चेत् तत्र यत्किमपि खादामः तस्य रसः कः इति रसनेन ज्ञातुं शक्नुमः, किन्तु तत् किं द्रव्यम् इति न ज्ञातुं शक्नुमः, किल? घ्राणेन्द्रियमपि तथा. कश्चन पदार्थः अस्ति, तस्मिन् गन्धः अस्ति, एतादृशगन्धः, सुरभिगन्धः वा अथवा दुर्गन्धः वा यत्किमपि भवतु, तद्भवति, किन्तु पदार्थः कः इति न जानीमः.
अग्रे रसनेन्द्रियेण अन्नं खादितुं द्रव्यमपि
इति प्रश्नः आसीत्, परन्तु कुतश्चित् एको आगच्छति, प्रतिध्वनिः. कोऽपि स्पीकर् मध्ये अस्ति वा? अस्ति चेत् मास्तु कृपया. अस्तु, तत्र इदानीं भारती भगिनी स्पीकर् मध्ये अस्ति वा?
स्पीकर् मास्तु, नास्ति.
अस्तु, ये केऽपि स्पीकर् माध्यमेन सन्ति कस्य
इदानीं?
हा अस्तु, इदानीमपि आगच्छति. अस्तु, वदिष्यामि शीघ्रमेव. तत्र मधुरम् इति खादति चेत् मधुरता बहुत्र अस्ति खलु, लड्डुके, पायसे, गुडे, हा, तर्हि एकरीत्या मधुरता ज्ञायते रसनेन, न तु तदाश्रितद्रव्यं. तावदेव अस्ति. अन्नस्य इव अन्यत् किमपि अस्ति चेत्, तस्यापि रसः अथवा टेस्ट् समानमस्ति चेत्, तदा केवलं रसः ज्ञायते इति ते वदन्ति.
न अवगच्छामि, यथा भवती वदति गुणम् एव ग्राह्यते, द्रव्यं न ग्राह्यते, तथा कथं वदामः? न अवगच्छामि.
इत्युक्ते महोदय, भवान् स्पीकर् मध्ये अस्ति वा?
न भगिनि,
कुतश्चित् एको आगच्छत् अस्ति. मास्तु, नाम किमपि खादामः चेत् तत्र केवलं तस्य रसः ज्ञायते, न तु द्रव्यमिति. इत्युक्ते गुडस्य उदाहरणमस्ति अग्रे, तत् परिशील्य पुनः भवतः प्रश्नं परिशीलयामः. अग्रे पठतु भगिनि.
घ्राणं गन्धस्य रसन रसस्य च जनयति प्रत्यक्षम्.
अस्तु, यद्यपि गुडः
घ्राणं गन्धस्य रसनस्य रसनारसस्य च जनयति प्रत्यक्षम्.
हा, तत् सत्यं, किन्तु यद्यपि गुडः सर्वान् म्यूट् करोमि, कृपया अन्म्यूट् कुर्वन्तु यदा वक्तुमिच्छन्ति तदा. हा, अत्र एकं वाक्यमस्ति, यद्यपि गुडः चक्षुषा गृह्यते इति न सः अतीन्द्रियः, तथापि घ्राणरसनयोः गुणाश्रयग्राहकत्वं नास्ति. नाम गुडः इति यदा वयं नेत्रं निमील्य खादामः, गुडं खादामः, तदा गुडस्य रसः एव ज्ञायते, किन्तु सः पदार्थः गुडः इति न ज्ञायते. अस्तु, परन्तु यदि नेत्रम् उन्मील्य पश्यामः तदा जानीमः, अस्तु, गुडः इति पदार्थः अस्माभिः अधुना खादितः इति. तदर्थमेव अत्र उच्यते यत् घ्राणेन्द्रियेण रसनेन्द्रियेण केवलं गुणः गृह्यन्ते, न तु गुणस्य आश्रयभूतद्रव्यम्. अपरेण इन्द्रियेण तस्य द्रव्यस्य ग्रहणं भवति, नाम चक्षुषा गुणस्य ग्रहणं भवति, परन्तु रसनेन्द्रियेण केवलं गुडस्य रसः एव इति वार्ता. अत्र किमपि चिन्तनमस्ति वा?
तर्हि गुडस्य रूपं चक्षुषा ग्राह्यते,
गुडस्य रसनं गुडस्य रसः रसनेन्द्रियेण ग्राह्यते, गुडस्य घ्राणं घ्राणेन्द्रियेण, गुडस्य गन्धः घ्राणेन्द्रियेण ग्राह्यते. गुडः इति कथं ज्ञायते इत्युक्ते तस्य रूपं चक्षुषा ग्राह्यत्वा अनन्तरमेव ज्ञायते.
सत्यं सत्यम्.
अस्तु,
गुडः इति पदार्थः चक्षुषा गृह्यते अपरेण इन्द्रियेण, किन्तु तस्य रसः येन इन्द्रियेण गृह्यते रसनेन्द्रियेण, तेनैव इन्द्रियेण गुडस्य ज्ञानं न आगच्छति इति तेषां कथनम्. इदानीं यदि वयं गुडः इति वस्तु न जानीमः एव, गुडं न जानीमः एव, तदा केवलं गुडं खादामश्चेत् सः कः पदार्थः इति वक्तुं न शक्नुमः खलु इति तादृशचिन्तनम्. अस्तु, अग्रे सरेम वा?
अस्तु भगिनि, द्रव्यगुण गुण उभयग्राहकाणि, गुणमात्रग्राहकाणि, द्रव्यगुण उभयग्राहकाणि इत्युक्ते चक्षुः त्वक् मनः.
हा, इति जानीमः केवलं द्रव्यस्य अपि च गुणस्य ग्राहकं चक्षुः त्वग् मनः. गुणमात्रग्राहकाणि कानि?
घ्राणं रसनं श्रोत्रं.
हा, श्रोत्रम् इति द्विधा विभजनम् अस्ति इन्द्रियेषु. अस्तु, अग्रे श्रोत्रेन्द्रियम् इति इन्द्रियम् अवशिष्टं, तस्य पृथक्तया उक्तमस्ति, किमर्थं तथा इति अग्रे पश्येम. सरला भगिनी पठितुम् इच्छति वा?
आं भगिनि. शिष्टं श्रोतेन्द्रियं कर्णपुटेन पृथक् कृतः आकाशदेश एव तन्तुः शब्दस्यैव प्रत्यक्षं जनयति न तु आश्रयस्य. कुतः? आश्रयस्य आकाशस्य अतीन्द्रियत्वात् यस्मिन् हि परमाण अतिरिक्तपरमाणम् उद्भूतरूपम् च भवति तस्यैव द्रवस्य बहिरिन्द्रियेण प्रत्यक्षं भवति नान्यस्य इति च निर्णीतम्. अथ इदानीं श्रोत्रेन्द्रिय अन्ये इन्द्रियेभ्य भिन्ना अस्ति. तस्य कारणमस्ति तस्य आकाशदेश तस्य द्रव्यमस्ति. शब्दस्य एव प्रत्यक्षं जनयति
श्रोत्रेन्द्रियमपि यथा रसनं घ्राणं तथा केवलं गुणस्य प्रत्यक्षं जनयति खलु शब्दस्यैव जनयति
केवलं शब्दगुणस्य प्रत्यक्षं जनयति न तु आकाशस्य
हा सत्यं. तर्हि तत्र भेदः कः भगिनि? तर्हि
भेदः अस्ति श्रोतेन्द्रिय गुणग्राहक ग्राहकाणि इति क्षेत्रम् आगच्छति न तु
अपि च ग्राणमपि च रसनमपि केवलं गुणग्राहकं खलु यथा श्रोत्रं तथैव ग्राणमपि च रसनं केवलं गुणग्राहकं. किन्तु पृथक्तया श्रोत्रस्य उल्लेखः क्रियते कुतः?
आकाशस्य अतीन्द्रियत्वात् यः गुण तस्य द्रव्यस्य गुणस्य आश्रयद्रव्यं न गृह्यते इत्युक्ते अतीन्द्रिय
अतीन्द्रियः इत्युक्ते इन्द्रियाणां शक्तेः बहिः, नाम गुडस्य रसनं गृह्णाति खलु, परन्तु गुडं चक्षुः गृह्णाति. तर्हि गुडः अतीन्द्रियः न अस्ति, परन्तु आकाशः अतीन्द्रियः इति प्रमुखः भेदः. श्रोत्रेण यः गुणः गृह्यते तस्य तस्य आश्रयः नितरा मतीन्द्रयः, नाम केनापि इन्द्रियेण
न गृह्यते
इति भेदः अस्ति अत्र.
अन्यालकघ्राणं रसनं तस्य अन्य इन्द्रेषु अपि द्रव्यं गृहीतुं शक्नुवन्ति, किन्तु श्रोत्रस्य शब्दस्य आश्रय आकाशस्य कोऽपि इन्द्रियेण न गृह्यते
इति प्रमुखः विचारः.
अस्तु अस्तु
अग्रे
अग्रे कस्य प्रत्यक्ष भवति तस्य नियमा दत्तमस्ति, यस्मिन् हि परमाणु परिमाण अतिरिक्त परिमाण उद्भूतरूपं, यस्य परिमाण कीदृशपरिमाणमस्ति, यस्य परिमाणु परिमाणस्य अधिकं परिमाणम् अस्ति तस्य तत् वस्तु यस्य उद्भूतरूपम् अस्तु. द्वौ
निकषौ अथवा द्वौ नियमौ स्तः प्रत्यक्षार्थम्
आवश्यकं स्तः, तस्यैव देवस्य बहिरिन्द्रप्रत्यक्षं भवति न नान्यस्य च निमित्तम्. अत्र कोष्टके दत्तम् अस्ति प्रत्यक्षयोग्य घट पृथ्वी आदित्रिकं, पृथ्वी आदित्रिकम् इत्युक्ते पृथ्वी जल तेजसि, तस्य उद्भूतं रूपं भवति वा उद्भूतं रूपं परमाणु परिमाण अतिरिक्तं परिमाणं द्वे यदि सन्ति स्तः तदै प्रत्यक्ष प्रत्यक्षम् इन्द्रियेण भवति.
हा बहिरिन्द्रियेण तदा प्रत्यक्षं भवति. अस्तु अत्र नियमद्वयं, प्रथमम् उद्भूतरूपम् अपि च परमाणुपरिमाणातिरिक्तपरिमाणं. यथा भगिन्या उक्तं परमाणुपरिमाणम् अतीव लघुपरिमाणमस्ति, परिमाणम् इत्युक्ते सैज़् इति. तादृशपरिमाणं यस्य नास्ति परमाणुपरिमाणातिरिक्त, नाम परमाणुपरिमाणात् अपि किञ्चित् बृहद् अस्ति, अपि च यस्मिन् उद्भूतरूपम् अस्ति तस्यैव प्रत्यक्षयोग्यता भवति इति प्राचीननयाय.
पञ्चत्रिंशत् पुष्टे दत्तमस्ति चरम पञ्चत्रिंशत् परमाणु च परिमाणं यत् प्रत्यक्षम् अस्ति तत् अस्ति त्र्यणनुकम् इत्युक्ते त्रिभिद्वणनिकं षट् परिमाणं.
हा त्रयुणकात् प्रभृति चरम अवयविपर्यन्तं तद् पश्यति खलु भवती.
आमां
हा इति सत्यमेव उक्तवन्तः. इदानीं परिमाणस्य विषये चर्चयामः. त्रियणुकात् आरभ्य परमाणुपरिमाणं नास्ति, द्वयुणुकपर्यन्तमेव परमाणुपरिमाणं, ततः अग्रे बृहत् एव इति चिन्तयन्ति. अस्तु अस्तु अधुना यद् अस्माभिः दृष्टम् एतत्तु प्राचीननैयायिकानां मतमस्ति, परमाणुपरिमाणातिरिक्तपरिमाणम् उद्भूतरूपम् इत्यनेनैव प्रत्यक्षं भवति इति प्राचीनानां मतमस्ति. नव्याः तु प्रत्यक्षम् इत्युक्ते साक्षात् ज्ञानम् इति चिन्तयन्ति, न केवलं चक्षुषा गृह्यमाणं परन्तु साक्षात् ज्ञानं यत्र भवति. उदाहरणत्वेन त्वग् इति इन्द्रियमस्ति, त्वचा वायोः प्रत्यक्षं भवति न वा? साक्षात् प्रत्यक्षं भवति खलु त्वचा. नाम एकः विलक्षणः स्पर्शः अस्ति वायोः, तद् तं स्पर्शं त्वचा अनुभवामः खलु. इति अस्ति नव्यानां मतमस्ति इति महोदयेन उक्तम् आसीत्. परन्तु अधुना वयं यत्किमपि चर्चयामः प्रत्यक्षयोग्यताविषये, तादृशप्रत्यक्षयोग्यतायाः चर्चा प्राचीनानां मतम् अवलम्ब्य अस्ति. प्राचीनानां मतानुगुणं यस्य उद्भूतरूपम् अस्ति परमाणुपरिमाणातिरिक्तपरिमाणम् अस्ति, नाम यत्किमपि चक्षुषा गृह्यते तस्यैव प्रत्यक्षम् इति तैः अनुमीयते।
भगिनी केवलं चक्षुषा वा केऽपि इन्द्रियेण प्रत्यक्षम् अनुभूयते?
तदेव उक्तवती, प्राचीनानां मतानुगुणं केवलं चक्षुषा।
अस्तु
अस्तु, अग्रिमपुटे पृष्ठे यत् कोष्टकमस्ति तत्र तेषामेव मतस्य चर्चा अस्ति। वस्तुतः त्वचा वायोः ग्रहणमपि प्रत्यक्षात्मकं ज्ञानं, परन्तु तस्य विषये अस्मिन् कोष्टके नास्ति चर्चा। एतद् मतम् आधारीकृत्य परमाणुपरिमाणातिरिक्तपरिमाणम् उद्भूतरूपम् आधारीकृत्य प्रत्यक्षयोग्यता कुत्र कुत्र भवति इति परिशीलयामः। अस्तु, तर्हि सरला भगिनी अन्तिमम् एकं विचारं स्पष्टीकरोतु, अत्र रूपं कुत्र कुत्र वर्तते? उद्भूतम् अनुद्भूतम् इति मास्तु, रूपं कुत्र वर्तते?
रूपं चक्षु
न, कस्मिन् कस्मिन् द्रव्ये वर्तते?
ओ, रूपं तेजस् गृह तेजसि तेजसि भवत् भवति
पृथ्वी जलं तेजसि
जलं तेजसि।
उद्भूतरूपम् अनुद्भूतरूपम् इति अग्रे पश्यामः किम् अस्ति इति, परन्तु रूपं पृथ्वी जले तेजसि वर्तते।
अभासरूपं
हा हा
शुक्लरूपं तेजसि अस्ति, मिश्रं पृथ्व्याम् अस्ति।
हा सत्यं सत्यम् इति अस्ति एव। वायौ दिशि काले आकाशे अपि च आत्मनि मनसि अपि रूपमेव नास्ति। उद्भूतरूपम् अनुद्भूतरूपम् इति भिन्नः विचारः, दूरमस्ति, सः विचारः न क्रियते एव, यतोहि एतेषु षड् द्रव्येषु वायु इत्यस्मात् आरभ्य दिशि काले आकाशे आत्मनि मनसि च रूपमेव नास्ति। तर्हि रूपस्य चर्चा यत्र भवति तत्र वयं चिन्तयितुं शक्नुमः यत् पृथिव्यादि त्रिके एव रूपम् अस्ति इति। अपि च अत्र
भगिनी रूपम् उद्भूतरूपयोः मध्ये कः भेदः?
हा इत्येव वदन्ती आसम्, तत्र उद्भूतरूपम् इत्युक्ते यद् सम्यक्तया दृश्यमानं रूपम् अस्ति तादृशम्। अनुद्भूतरू इत्युक्ते इन्द्रियेण चक्षुरिन्द्रियेण गृह्यते तादृशरूपमस्ति उद्भूतरूपम्। यद् रूपम् अस्ति किन्तु न प्रकटं भवति तादृशमस्ति अनुद्भूतरूपम्। अधुना अनुद्भूतरूपं कुत्र अस्ति इति परिशीलयिष्यामः अग्रे, किन्तु मनसि एतद् भवेत् यद् उद्भूतरूपं सम्यक्तया दृश्यमानं रूपम् अस्ति, अनुद्भूतरूपं चक्षुषा न दृश्यमानं, चक्षुरिन्द्रियेण न गृह्यते तादृशरूपम् अस्ति।
इत्युक्ते रूपस्य विभजनमेव वा तत् उद्भूतरूपम् अनुद्भूतरूपम् इति?
सत्यं,
यत् दृश्यते इन्द्रियेण यत् द्रष्टुं शक्यते तत् उद्भूतरूपं, यत् न दृश्यते तत् अनुद्भूतरूपम् इति।
हा, अनुद्भूतरूपम् इति ते वदन्ति।
ओ,
उदाहरणत्वेन सुवर्णं तैजसं द्रव्यम् इति दृष्टवन्तः खलु, तत्र
एकनिमिषं भगिनि, तत्र चित्रे
महोदय एवं कुर्मः, क्रमेण गच्छामः। प्रथमतया हा परमाणुपरिमाणं परममहत् मध्यमम् इति किम् इति पश्येम। तर्हि हा भवान् एव पठतु, द्विपञ्चाशत्तमे पुटे अन्तिमपरिच्छेदं पठतु।
सङ्ग्रहे तत्रैव किल?
सत्यं सत्यं।
सङ्ग्रहे यद्यपि चतुर्विधानि परिमाणानि वक्ष्यन्ते तथापि आश्रय अनुरोधेन अन्योपि विभागः कर्तव्यो भवति, स च अनुपरिमाणं परममहत्परिमाणं मध्यमपरिमाणम् इति। तर्कसङ्ग्रहे चतुर्विधपरिमाणं वक्ष्यन्ते, किन्तु एतत् ग्रन्थस्य ग्रन्थकारः वदति विभागत्रयमेव पर्याप्तमिति, अनुपरिमाणं परममहत्परिमाणं मध्यमपरिमाणम् इति।
समीचीनं,
परमाणुपरिमाणं तु पृथिव्यादिचतुष्टयस्य परमाणवः द्वयणुकानि च मनांसि, पृथिव्यादिचतुष्टयम् इत्युक्ते आप् अप् तेजः वायुः तावत्पर्यन्तं तेषां परमाणवः द्वयणुकानि मनांसि अपि मनसपि परमाणु परिमाण परमाणुपरिमाणम् अस्ति तेषां परमाणवत्
अत्र द्वयणुकम् इत्युक्ते किम् इति जानाति वा
परमाणुद्वयं यदा युज्यन्ते तत्र द्वयणुकं भवति
इत्येव अस्ति अपि च पृथिव्यादिचतुष्टयस्य इति उक्तं किमर्थम्
पृथिवी अप् तेज वायुः तेषां परमाणवः एव परमाणुपरिमाणम् इत्युक्ते आकाशः आकाशादि पञ्च द्रव्याणि सन्ति किन्तु तेषाम् अवयवः एव नास्ति अतः परमाणवः तेषां नास्ति
हा हा समीचीनं महोदय इति वार्ता अस्ति तदर्थमेव परमाणुविषये यदा चर्चा भवति तदा पृथिव्यादिचतुष्टयस्य परमाणवः इति एव अवगन्तव्यः भवति अस्तु तर्हि पृथिव्यादिचतुष्टयस्य परमाणवः द्वयणुकानि तेषां परमाणुपरिमाणं नाम अतीवलघुः तद्वदेव मनसः अपि परमाणुपरिमाणं तत्र किं चिन्तनमस्ति महोदय किमर्थं मनसः अन्यत्र कुत्रचित् नास्ति
यदि मनः सर्वत्र भवति चेत् वयं सर्वज्ञः एकैकं सर्वज्ञः भवन्ति किल
हा तदर्थं मनः मनसः अतीव लघुतमपरिमाणं स्वीकृत्य अपि च ज्ञानमपि क्षणिकं खलु तादृशज्ञानस्य ग्रहणसामर्थ्य इन्द्रियम् अस्ति मनः तस्य अतीव लघुः इति परिमाणमस्ति परमाणुपरिमाणम् इति ते वदन्ति हा अपि च यथा भवता उक्तं तदधिकं भवति चेत् मनसः तर्हि परममहत् परिमाणं स्यात् यथा आत्मा परमात्मा जीवात्मा अस्ति तस्य इन्द्रियं जीवात्मनः इन्द्रियमेव मनः अस्ति खलु तर्हि परममहत् परिमाणम् अभविष्यत् मनसः तथा अभविष्यत् चेत् वयं सर्वे सर्वज्ञाः भवेम तथापि नास्ति यतोहि भवतः आत्मनि यद् ज्ञानं तद् मम आत्मनि नास्ति तथा तदर्थं मनसः अपि परमाणुपरिमाणम् अस्ति इति ते वदन्ति अस्तु अग्रे महोदय
परममहत्त्वपरिमाणं ते तु आकाशः कालः दिक् जीवाः इत्युक्ते आत्मनः ईश्वरः जीवाः ईश्वरः द्वयोः अपि आत्मनः एव ईश्वरः परमात्मा जीवः जीवात्मा इति ते सर्वे
परममहत्त्वपरिमाणवन्ति द्रव्याणि इति वक्तुं शक्नुमः
आम्
अस्तु तर्हि अस्यां श्रेण्यां यानि यानि द्रव्याणि सन्ति तेषां रूपम् अस्ति वा
नास्ति
रूपं नास्ति एव खलु तर्हि उद्भूतरूपम् उद्भूतरूपम् इत्यस्य चर्चा तु दूरं
आम्
रूपमेव नास्ति इति
तेषां विषये तादृशचर्चां कर्तुं न अर्हति
इति न अर्हामः परन्तु परमाणुपरिमाणम् इत्यस्यां श्रेण्यां यानि यानि सन्ति तत्र रूपं कुत्र कुत्र वर्तते
उद्भूतरूपम् इत्येव वक्तुं शक्नुमः किल तत्र किन्तु मनसि रूपं नास्ति इति अहं चिन्तयामि
हा समीचीनं मनसि रूपमेव नास्ति तर्हि तस्य चर्चा उद्भूतम् अनुद्भूतम् इति चर्चां न कर्तुमेव शक्नुमः पृथ्व्यादिचतुष्टयं पृथ्वी जलं तेजः वायुः तत्र
रूपं परमाणोः रूपं भवेत् नो चेत् तेषां योजनेन घटपटयोः रूपं न भवितुमर्हति अतः
हा समीचीनम् इति वार्ता अस्ति तत्रापि पृथ्वी जलं तेजः एतेषां परमाणूनामेव रूपम् अस्ति उद्भूतरूपं वायु
पृथ्व्याः रूपं वायोः लक्षणमपि रूपरहितवान् इति
तत्र रूपं नास्ति वायोः रूपमेव नास्ति तर्हि वायोः परमाणुषु अपि रूपं नास्ति इति वार्ता अपि च भवता यथा उक्तं पृथिव्यादित्रिकस्य पृथ्वी जलं तेजः तेषां परमाणूनाम् उद्भूतरूपम् अस्ति किमर्थं चेत् तैः जायमानः पदार्थः घटपटादयः तेषाम् उद्भूतरूपम् अस्ति तर्हि परमाणवः बिल्डिङ्ग् ब्लाक्स् अस्ति खलु तर्हि तेषां यः गुणः तेषां यः गुणः तद् अग्रे अपि गच्छति इति अस्तु परमाणुपरिमाणम् अभवत् परममहत् इदानीं मध्यमपरिमाणम् इत्यत्र
मध्यमपरिमाणं घटपटादयः पृथिव्यादिचतुष्टयस्य विभागग्रन्थे शरीरेन्द्रियविषयभेदात् इत्यनेन ये दर्शिताः ते सर्वेपि इत्युक्ते परमाणुपरिमाणं परममहत्त्वपरिमाणं विहाय यत्यत् लोके अस्ति तत्सर्वं मध्यमपरिमाणं
सत्यं
मध्यमपरिमाणवन्तः
सत्यं पृथिव्यादिचतुष्टयस्य विभागग्रन्थे विभागग्रन्थे इत्युक्ते तत्र लक्षणवाक्यमासीत् खलु तत्र विभागः
शरीरेन्द्रियविषयभेदात् ते विभजन्ति तत्
तर्हि तत्र शरीरेन्द्रियविषयभेदात् इति प्रदर्श्य यद्विवृण्वन्ति ते तत्र मध्यमपरिमाणम् अस्ति एव इत्युक्ते शरीरस्य जननं भवति नाशः भवति खलु तथैव इन्द्रियस्य तथैव विषयस्यापि नित्यद्रव्यमस्ति परमाणवः पृथिव्यादिचतुष्टयस्य नित्यद्रव्याणि परमाणवः अनित्यद्रव्याणि शरीरेन्द्रियविषयभेदात् भिद्यन्ते तेषां मध्यमपरिमाणम्
नित्यद्रव्याणां उत्पत्तिः नाशः द्वयमपि न भवति
अतः सर्वाणि नित्यद्रव्याणि कस्यां श्रेण्यां भवन्ति तर्हि
परमाणुपरिमाणानां मध्ये एव भवति
परमाणुपरिमाणश्रेण्यां भवन्ति अथवा परममहत् परिमाणम् इत्यस्यां श्रेण्यां भवन्ति तर्हि मध्यमपरिमाणश्रेण्यां तु जन्याः इत्युक्ते कार्यरूपाः यद् जायते यद् नश्यति तादृशद्रव्याणि एव भवन्ति अस्तु इति सारांशः अस्ति परमाणुविषये यद् अस्मिन् पुटे द्विपञ्चाशत्तमे पुटे एतदेव अस्ति यद्वयं चर्चितवन्तः अधुना तर्हि अन्तिमः एकः विचारः अस्ति अस्तु मनः परमाणुपरिमाणम् इति चर्चितवन्तः यतोहि मनसः परममहत् परिमाणं न भवति नो चेत् सर्वे सर्वज्ञाः भवन्ति तथा नास्ति वस्तुस्थितिः इति जानीमः परन्तु मनसः मध्यमपरिमाणं तु भवितुमर्हति किल इति प्रश्नः तत्र किं चिन्तनं
मनः नित्यमस्ति
समीचीनम् इत्येव कारणमस्ति यथा वयं दृष्टवन्तः मध्यमपरिमाणवन्ति द्रव्याणि अनित्यानि खलु घटपटादयः यस्य जननं जायते यस्य जननं भवति किन्तु मनः तथा नास्ति नित्यद्रव्यं तर्हि मनसः स्थानं तत्रैव परमाणुपरिमाणम् इत्यस्यां श्रेण्यामेव मनः भवति
भगिनी तत्र भवती उक्तवती मनः तु परममहत् परिमाणं श्रेण्यां न भवति किमर्थं चेत् तत्र सर्वे सर्वज्ञाः भवन्ति इति परन्तु जीवः तथा एव अस्ति खलु अहं चिन्तयामि मनः परमाणुपरिमाणस्तरे अस्ति किमर्थं चेत् परमाणवः ज्ञानमपि मनसः एव गृह्यते
परमाणूनां ज्ञानं
बहु सूक्ष्मं भवेत् नो चेत् सूक्ष्मवस्तूनि
सत्यं सत्यं तत्र सूक्ष्मवस्तु किम् अस्ति मनसा गृह्यमाणं सूक्ष्मवस्तु किं
सर्वे ज्ञानं सुख दुःख
सत्यं सत्यं ज्ञानम् इति एव सूक्ष्मवस्तु मनसा गृह्यते खलु तद् ज्ञानमेव क्षणात्मकम् अतिसूक्ष्मं कालिकदृष्ट्या कालिकदृष्ट्या न तु दैशिकदृष्ट्या क्षणिकम् इति वदन्ति ते यद्यपि वयम्
इत्युक्ते कालिकदृष्ट्या परन्तु मम चिन्तनम् अस्ति मनः परममहत् परिमाणश्रेण्यां स्थापयामः चेत् यथा भवती उक्तवती तत्र सर्वे विभूद्रव्याः द्रव्यम् अपि च सर्वे 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 जानीयुः अथवा यत्किमपि उक्तवती भवती
विभवः इति सत्यं पदार्थः अनन्तरं
परन्तु मम चिन्तनमस्ति परमाणुस्तरे अस्ति किमर्थं चेत् सः अतीव सूक्ष्मः भवेत् नो चेत् सूक्ष्मज्ञानं न भवति तस्मिन्
सूक्ष्मज्ञानम् इत्युक्ते कीदृशं ज्ञानं क्षणात्मकं ज्ञानम् इति यद्
क्षणात्मकं ज्ञानं भवतु परमाणुना ज्ञानम् अपि भवतु
परमाणुनां ज्ञानं न भवति एव वस्तुतः ज्ञानं न भवति परमाणवः वस्तुतया ऊहया अनुमानेन जायमानाः तस्य ज्ञानम् अनुमानेन एव भवति अस्तु किन्तु अनुमानेन अपि ज्ञानमेव तद् मनसा गृह्यते तर्हि एतत् सर्वं परिशील्य मनः इत्यस्य स्थलम् अत्रैव अस्ति अस्यां श्रेण्यामेव परमाणुपरिमाणम् अन्यत्र कुत्रापि न भवितुमर्हति समीचीनम् अस्तु तर्हि अग्रे सावित्री भगिनी पूर्वस्मिन् पृष्ठे एकपञ्चाशत्तमे पुटे न प्रत्यक्षयोग्याः इति अस्ति खलु तत्र कोष्टकमस्ति तत्र पृथिव्यादित्रिकस्य इत्यस्मात् आरभ्य किञ्चित् विवृणोतु
पृथिव्यादि अधः अस्ति तद्वा अथवा
उपरितने भागे दक्षिणभागे टाप् रैट्
पृथिव्यादित्रिकस्य परमाणुः द्वयणुकम् अत्र अस्मिन् कोष्टके न प्रत्यक्षयोग्याः सन्ति चत्वारः दत्तानि अत्र प्रथममस्ति पृथिव्यादित्रिकस्य इत्युक्ते पृथिवी जलं तेजः तेषाम् इदानीमेव दृष्टम् अस्ति यत् रूपमस्ति तदर्थम् उद्भूतरूपं वा अनुद्भूतरूपं वा इति परिशीलयामः उद्भूतरूपम् अस्ति एव यथा भवती उक्तवती पूर्वं परमाणुपरिमाणभिन्नपरिमाणं नास्ति अस्तु परमाणुश्रेण्यां परमाणुपरिमाणमेव अस्ति तत् परमाणुपरिमाणभिन्नपरिमाणं नास्ति परमाणुः अपि च द्वयणुकस्य श्रेणी अस्ति परमाणुपरिमाणश्रेणी तदर्थं निकषद्वयम् उद्भूतरूपम् अस्ति परन्तु परमाणुपरिमाणभिन्नपरिमाणं नास्ति तदर्थं ते प्रत्यक्ष अयोग्याः
प्रत्यक्ष अयोग्याः के
पृथिव्यादि पृथिवी जलं तेजः तेषां परमाणवः द्वयणुकम् अपि
द्वयणुकाणि च अस्तु समीचीनं तर्हि निकषद्वयमस्ति तस्मिन् उद्भूतरूपत्वमस्ति किन्तु अपरः निकषः परमाणुपरिमाणभिन्नपरिमाणं नास्ति इति अस्ति अग्रे अपि भगिनी भवती एव किञ्चित् प्रतिपादय
अस्तु उपरि भागे यदस्ति वायु वायु प्रभृति द्रव्याणि विशेषतश्च त्वगिन्द्रियं वायवीयं श्रोत्रेन्द्रियमाकाशस्वरूपश्च स्वरूपञ्च. अस्तु, अत्र वायुप्रभृतद्रव्याणि इत्युक्ते अन्ये द्रव्याणि, वायु, आकाश, मन, आत्मा, काल इत्यादयः विशेषः अपि. त्वगिन्द्रियं वायुवीयम् अस्तु, त्वगिन्द्रियम् अपि च श्रोत्रेन्द्रियम् आकाशस्वरूपञ्च. अत्र तेषां सर्वेषां रूपं न वर्तते इति पूर्वमेव दृष्टवन्तः. पृथिव्यादित्रिकं पृथिवी जलवायु पृथिवी जलतेजः तेषामेव रूपमस्ति. वायु, काल, मन इत्यादयः तेषां रूपं नास्ति. अपि च परमाणुपरिमाणभिन्नपरिमाणम् अस्ति. अस्तु, अत्र पुनः निकषद्वयं. प्रथमनिकषं न अङ्गीकृतम् अत्र, रूपमेव नास्ति. द्वितीय निकषः अस्ति, परमाणुपरिमाणभिन्नपरिमाणम् अस्ति. किमर्थम् अस्ति, किमर्थं चेत् वायुप्रभृतिद्रव्याणि विशेषतश्च त्वगिन्द्रियं ते सर्वे मध्यमपरिमाणरूपम्.
हा, अत्र वस्तुतः कस्य कस्य चर्चा जायमानमस्ति भगिनि? कस्य चर्चा जायमाना अस्ति?
प्रत्यक्ष अयोग्याः खलु.
किन्तु अस्मिन् अस्मिन् उदाहरणे, अस्मिन् प्रसङ्गे यद्भवती विवृतवती अधुना,
विभुद्रव्यं विभुद्रव्याणि अपि च
वायु, हा वायुप्रभृतिद्रव्याणि इति उक्तं, किन्तु वस्तुतः त्वगिन्द्रियं, त्वगिन्द्रियं कीदृशं द्रव्यम्?
त्वगिन्द्रियं वायुवीयं.
वायुवीयं, तर्हि तस्य परिमाणं किं स्यात्?
तस्य परिमाणमपि रूपं नास्ति, अपि च मध्यमपरिमाणमेव.
हा, मध्यमपरिमाणमिति किमर्थं चिन्तयति भवती?
तेषां नाशः अपि अस्ति, जननमपि अस्ति.
सत्यं, शरीरेन्द्रियविषयभेदात् इत्यस्यां श्रेण्यां त्वगिन्द्रियम् उल्लिखितं खलु? हा, त्वग् स्पर्शग्राहकं त्वक् इति तत्र उल्लिखितं वायोः लक्षणवाक्ये. अतः तस्य मध्यमपरिमाणं तु अस्ति. श्रोत्रेन्द्रियस्य कीदृशं परिमाणं, किं चिन्तनं तत्र भवत्याः?
श्रोत्रेन्द्रिय आकाशरूपञ्च अत्र महत् परममहत् परिमाणमेव भवति इति मम चिन्तनम्.
हा हा, समीचीनं. किमर्थम्?
आकाशः परममहत् परिमाणस्तरे अस्ति, अपि च श्रोत्रेन्द्रियं तु आकाशस्वरूपम् आकाशद्रव्यं श्रेण्याम् अस्ति.
तदर्थम् हा आकाशद्रव्यमेव. अपि च वयम् अग्रे परिशीलयिष्यामः, आकाशः यथा विभुः नित्यमस्ति, आकाशस्य विभुत्वं यत्र यथा सर्वानुस्यूतं, तथैव श्रोत्रेन्द्रियमपि आकाशस्वरूपं सत् श्रोत्रेन्द्रियमपि विभुः. तदर्थं परममहत् परिमाणमेव स्यात्, नो चेत् अन्यत्र कुत्रापि न भवितुमर्हति. मध्यमपरिमाणं तु नास्ति, शरीरेन्द्रियविषयभेदात् इति उक्त्वा तत्र पृथक्तया आकाशस्य भेदः न कृतः खलु?
अवयवः एव नास्ति.
तदर्थं श्रोत्रेन्द्रियस्यापि तथा एव, तादृशी एव स्थितिः. परममहतेव स्यात्. अपि च परमाणु इन्द्रियाणि किमर्थं न परमाणुपरिमाणवन्ति भवितुमर्हन्ति, किं चिन्तनं तत्र?
किमर्थम् इन्द्रियाणि परमाणुस्तरे नास्ति? किमर्थं चेत् तेषां विषयः तु जायमानः एव खलु.
हा, समीचीनम्. एकं तथा अस्ति, मध्यमपरिमाणश्रेण्याम् आगच्छन्ति, यतोहि जायन्ते अवयवपरम्परायाः जायन्ते. परमाणु द्व्यणुकं त्र्यणुकं तादृशी अवयवपरम्परा इन्द्रियाणाम् अपि अस्ति इति एकः विचारः. अपि च महोदयेन उक्तमासीत् यद् एतानि इन्द्रियाणि, नाम उदाहरणत्वेन चक्षुरिन्द्रियम् इति कुर्मश्चेत् तत्र रात्रौ वयं चन्द्रमसं नक्षत्राणि पश्यामः खलु, तर्हि तावद्दूरं यदस्ति वस्तु तद् चक्षुरिन्द्रियेण गृह्यते. नाम नैयायिकानां चिन्तनमस्ति यत् चक्षुः इति कश्चन शक्तिः, न तु अवयवः, न तु फिसिकल् आर्गन्. चक्षुः इति कश्चन शक्तिः, सा शक्तिः तावत्पर्यन्तं गत्वा वस्तु गृहीत्वा ज्ञानं जनयति इति इत्युक्ते तस्य मध्यमपरिमाणं स्यात्, न तु परमाणु इति तेषां चिन्तनम् अस्तु. अपि च परममहत् परिमाणं नास्ति इन्द्रियाणाम् इति जानीमः.
उपाधिभेदात् स्थापयितुं शक्नुमः श्रोत्रेन्द्रियस्य.
सत्यं सत्यम् इति अग्रे अस्ति, समये सति अद्य पठेम. अस्तु समीचीनं. तर्हि पृथिव्यादित्रिकस्य परमाणूनां प्रत्यक्षयोग्यता नास्ति, यतोहि अतीव लघु परमाणुपरिमाणभिन्नपरिमाणं नास्ति. अपि च त्वगिन्द्रियस्य श्रोत्रेन्द्रियस्य च प्रत्यक्षयोग्यता नास्ति, यतोहि रूपमेव न वर्तते इति वार्ता. ततः अग्रे सरेम. सुनीलमहोदय पठति वा अग्रे किं किम् अस्ति इति?
आमाम् अत्र चित्रे वा अथवा?
हा हा, चित्रमेव किञ्चित् विवृणोतु. तत्र
अत्र पुनः अत्र पृथिव्यादि रूपाद्यापि घ्राणरसनचक्षुरिन्द्रियाणि सन्ति तत्र. अत्र त्रिषु द्रव्येषु पृथिवी जलं तेजः इति तत्र परमाणुपरिमाणभिन्नपरिमाणं वर्तते अपि, परन्तु रूपं वर्तते उद्भूतरूपं नास्ति इति. तस्मिन् तादृशरीत्या तत्र प्रत्यक्षयोगः न योग्यः नास्ति इति. यदा उद्भूतरूपं नास्ति, यदा द्वयणुकपर्यन्तम् एव तिष्ठति चेत् रूपं न वर्तते अपि, परन्तु उद्भूतरूपं नास्ति इति कारणेन प्रत्यक्षयोग्यः नास्ति इति.
हा समीचीनं. तर्हि तस्य परिमाणं किं महोदय?
तत्रापि मध्यमपरिमाणम् अस्ति, परन्तु उद्भूतरूपं नास्ति इति कारणेन परमाणुपरिमाणं भवति.
हा उद्भूत अस्तु, परन्तु पृथिव्यादि त्रिकस्य चर्चा अस्ति खलु, ग्राणं रसनं चक्षुः इति एव खलु. इत्युक्ते किं? ग्राणम् इति पार्थिवपदार्थः, रसनम् इति जलीयपदार्थः, चक्षुः इति कीदृशपदार्थः?
चक्षुः अपि द्रव्यगुणग्राह्य पदार्थः.
हा परन्तु कीदृशपदार्थः, वायुवीयः वा पार्थिवः वा जलीयः वा? चक्षुः इति कस्य लक्षणवाक्ये आसीत्?
तद् रूपं गृह्णाति
इति सत्यं, किन्तु तद् स्वयं कीदृश पदार्थः इति मम प्रश्नः. तैजसं खलु? चक्षुः तैजसं, तैजसं द्रव्यं, यथा सुवर्णं तैजसं तथा रसनं जलीयम् अस्ति, जलस्य अपां लक्षणवाक्ये अस्ति, ग्राणं पार्थिवम् अस्ति. एतावत् पर्यन्तं वयं किं जानीमः? पृथिव्यादित्रिकस्य परमाणुषु उद्भूतरूपमस्ति वा?
उद्भूतरूपं नास्ति.
चिन्तयतु, सावित्री भगिनी उपरितनचित्रे किं प्रदर्शितवती? पृथिव्यादित्रिकस्य परमाणुः, तस्मिन् उद्भूतरूपम् अस्ति न वा?
यदा मध्यमपरिमाणे अस्ति चेत् अत्र उद्भूतरूपं भवति, परन्तु अत्र
एकनिमिषं एतौ भिन्नौ विषयौ, उद्भूतरूपं रूपं परिमाणम् इति भिन्नौ विषयौ द्वौ। मम प्रश्नः अस्ति पृथिव्यादित्रिकस्य नाम पृथिवी जलं तेजः एतेषां परमाणूनाम् उद्भूतरूपम् अस्ति न वा इति।
उद्भूतरूपम् अस्ति एव,
अस्ति खलु।
अध्ययनं भवति तस्य नाशः अपि भवति इति।
हा, तत्र घटः अस्ति, घटः इति पार्थिवपदार्थः। घटः केन जायते? परमाणुना जायते, कपालेन जायते, कपालाभ्यां जायते। ततः अग्रे गत्वा कपालः कपालिकाभ्याम् इति किमपि चिन्तयामः, ततः अपि अधोभागे गत्वा पश्यामश्चेत् सर्वस्य आधारः परमाणुः एव खलु, पार्थिवपरमाणवः। पार्थिवपरमाणुषु उद्भूतरूपम् अस्ति, अतः तैः जायमानः पदार्थः घटः तस्मिन्नपि उद्भूतरूपम् अस्ति इति तर्कः खलु इति चिन्तनं समीचीनं वा?
आमां, तत्र उद्भूतरूपम् अस्ति।
पार्थिवपरमाणुषु, जलीयपरमाणुषु, तैजसपरमाणुषु उद्भूतरूपम् अवश्यम् अस्ति, नो चेत् घटस्य उद्भूतरूपं कथं वा स्यात् इति वार्ता। अस्तु, अधुना भवता यत् परिशीलितं तस्मिन् ग्राणम् इति पार्थिवपदार्थः, ग्राणमिति पार्थिवपदार्थः अपि पार्थिवपरमाणुना जायते खलु, पार्थिवपरमाणुभिः जायते, अपि च पार्थिवपरमाणुषु उद्भूतरूपम् अस्ति इति इदानीमेव चर्चितवन्तः। तर्हि अत्र प्रश्नः उदेति यत् अस्तु, ग्राणमिति पार्थिवपरमाणुभिः जायते, किन्तु तत्र कुतो वा नास्ति उद्भूतरूपम् इति प्रश्नः आगच्छेत् खलु।
तत्र इदानीम् इन्द्रियस्य विषये अस्ति इति तत्कारणेन अत्र उद्भूतरूपं नास्ति इति।
हा हा, समीचीनम्। उद्भूतरूपं किमर्थं न स्यात् इति प्रश्नः आगच्छेत्, यतोहि अवयवैः जायते, पार्थिव अवयवैः एव जायते, नाम पार्थिवपरमाणुभिः एव जायते, द्वयणु परमाणु, द्वयणुकं त्रयणुकम् इति कृत्वा ग्राणं जायते। हा, परन्तु उद्भूतरूपं न भवति इन्द्रियेषु, ग्राणरसनचक्षुरिन्द्रियेषु, यतोहि ते वदन्ति यत् तत्र अवयवपरम्परायां कश्चन विरोधः अभवत्, तदर्थं नास्ति इति। तदर्थं यद्यपि ग्राणम् इति पार्थिवपदार्थः, तथापि तस्मिन् उद्भूतरूपं नास्ति। अस्तु, तर्हि परमाणुपरिमाणभिन्नरूपम् अस्ति, उद्भूतरूपं नास्ति इति आगतं, तेन किमस्ति?
अतः प्रत्यक्षयोग्यः नास्ति इति।
अतः प्रत्यक्षयोग्यः नास्ति इति आगतमस्ति। अस्तु, अग्रिममपि परिशीलयतु कृपया।
पुनः इदानीं मनः अस्ति, तत्र वयं जानीमः मनः इति तत्र रूपं नास्ति इति। परमाणुपरिमाणभिन्नपरिमाणम् अपि न वर्तते इति, अतः तत्रापि मनः प्रत्यक्षयोग्य न प्रत्यक्षयोग्यः।
अस्तु, तर्हि आहत्य एतानि सर्वाणि न प्रत्यक्षयोग्याः इति आगतः।
रूपं वर्तते, उद्भूतरूपं नास्ति, द्वयो मध्ये भेदं किम् अस्ति?
उद्भूतरूपम् इत्युक्ते चक्षुषा गृह्यमाणं, सम्यक् दृश्यमानं, यथा घटस्य रूपं, पटस्य रूपम्। अनुद्भूतरूपम् इत्युक्ते न प्रकटं, न उत्कटं। तदर्थमेव अहं तदा तैजस सुवर्णस्य उदाहरणं दातुम् इष्टवती। इदानीं सुवर्णं तैजसं द्रव्यं खलु, हा, तर्हि तैजसं द्रव्यम् इत्युक्ते तस्मिन् कीदृशस्पर्शः स्यात्? न, स्पर्शः, उष्णस्पर्शः स्यात्, उष्णस्पर्शः स्यात्, किन्तु उष्णस्पर्शः भवति वा, अनुभूयते वा? सुवर्णम् एवमेव स्पृशति चेत् तत्र उष्णस्पर्शः अनुभूयते वा? न अनुभूयते, नाम तस्य अर्थः अस्ति तत्र अनुद्भूतम् अस्ति.
एतत् उदाहरणं केवलम् इन्द्रियाणि रूपं वर्तते, उद्भूतं रूपं नास्ति. परमाणु परिमाण भिन्न परिमाणं द्वे केवलम् इन्द्रियाणि प्रति अस्ति वा तृतीय
केवलम् इन्द्रियाणां प्रति इति न, केवलं चक्षुरिन्द्रियम् आधारीकृत्य वस्तुतः.
अस्तु, घ्राणरसन
किं किं
घ्राणरसन चक्षुरिन्द्रियाणि प्रति अस्ति
यद् सुनील् महोदयेन पठितं. अत्र अत्र अवगन्तव्यमस्ति यद् यदा कदापि रूपम् इति विषयः आगच्छति तदा तस्य ग्राहकं चक्षुः एव. अस्तु, तर्हि एषा चर्चा चक्षुरिन्द्रियेण रूपं दृश्यते न वा इति आधारीकृत्य एव अभवत् अधुना. अस्तु, तत्र भिन्नभिन्नस्थलेषु कुत्र उद्भूतरूपम् अस्ति, कुत्र रूपम् अस्ति, कुत्र अनुद्भूतरूपम् इति चर्चा अभवत्. अन्ततो गत्वा रूपं नास्ति मनः, मनसि रूपमपि नास्ति, परमाणु परिमाणभिन्नपरिमाणमपि नास्ति इति कृत्वा अस्तु समापितमस्ति.
भगिनी, मम प्रश्नद्वयमस्ति. प्रथमं श्रोत्रेन्द्रियं परममहत्त्वपरिमाणम् इति वयं चिन्तितवन्तः, निश्चितवन्तः. यदा तादृशं भवति चेत् सर्वेपि सर्वशब्दज्ञः
भवेत् किल? सत्यम् आगच्छति, अग्रे अग्रे पठेम, अवशिष्टसमये किञ्चित् पठेम. अस्तु,
तत् तत् प्रश्ने एकं अन्यप्रश्नः. रूपं वर्तते, उद्भूतरूपं नास्ति इत्युक्ते अनुद्भूतरूपं वर्तते इत्येव किल?
सत्यम्.
अनुद्भूतरूपं रूपं नास्ति
न, अनुद्भूतरूपं रूपम् अस्ति, रूपम् अस्ति किन्तु इन्द्रियेण न गृह्यते.
करोमि अनुद्भूत अनुद्भूतरूपम् इति एका श्रेणी अस्ति, रूपं नास्ति इति एका श्रेणी. तयोः वैशिष्ट्यं किं, किमर्थम् अनुद्भूतरूपं वर्तते इति वक्तव्यं, रूपं नास्ति इति वदामश्चेत् किं भवति इति?
अस्तु अस्तु, वस्तुतः तैः तेषां किं किं वदामः, प्रिमैस् किम् आसीत् आरम्भे, प्रिमैस् आसीत् यत् पृथ्वी जलं तेजः तेषु रूपम् अस्ति इति खलु. तर्हि ग्राणं रसनं चक्षुः इति पृथिवी पदार्थः, रसनं जलपदार्थः, चक्षुः, तेषां प्रिमैस् किम् आसीत्? रूपमस्ति पार्थिवपदार्थेषु इति. अधुना कथं कथं साधयन्ति, ग्राणं पार्थिवपदार्थः सन् कथं वा तस्मिन् रूपः न रूपं न स्यात्? यतोहि चक्षुषा न गृह्यते ग्राणं, कोऽपि ग्राणेन्द्रियं द्रष्टुं न शक्नोति. तदर्थमेव अस्तु, रूपम् अस्ति यतोहि पार्थिवपदार्थः, परन्तु उद्भूतरूपं नास्ति इति.
ओके, यदि मनः अनुद्भूतरूपम् इति वदामश्चेत् किं भवति?
वस्तुतः मनः स्वयम् एकं द्रव्यं, पृथिवी नास्ति, जलं नास्ति, तेजः नास्ति, खलु? तर्हि तेषां तेषां मतानुगुणं पृथिवी, जलं, तेजः, एषु एव रूपं वर्तते, न तु न अन्यत्र. वायुप्रभृतिद्रव्याणि, तेषां रूपमेव न वर्तते. वायुप्रभृतिद्रव्याणि इत्युक्ते तस्मिन् मनः अपि अन्तर्भूतं. तदर्थं
लाघवार्थम् अहं वदामि, मनः अनुद्भूतरूपं, मनस्य अनुद्भूतरूपम् अस्ति इति अहं वदामश्चेत् किमपि क्लेशः अस्ति वा?
क्लेशः अस्ति नाम रूपं रूपम् इति एका केटेगरी अस्ति चेत् तस्मिन् उद्भूतरूपम् अनुद्भूतरूपम् इति आगच्छति खलु. मनः मनः तस्मिन् केटेगरी मध्ये न भवति एव, यतोहि मनसः रूपम् एव नास्ति.
अस्तु भगिनि, इतोपि अहं चिन्तयामि, यदि समस्या अस्ति चेत् सूचयामि.
अस्तु अस्तु, समीचीनमस्ति.
परमाणुस्तरे उद्भूतरूपं भवति एव खलु.
सत्यं. नो चेत् ततः अग्रे अवयवेषु कथं रूपं स्यात् इति तेषां चिन्तनम्. अस्तु,
क्षम्यताम्, अत्र केवलम् इन्द्रियस्य विषयं वदामः चेत् वयं तोक् इति स्वीकुर्मः चेत् तत्र रूपमपि रूपमस्ति, उद्भूतरूपमपि अस्ति किल.
एकनिमिष, त्वग् इति कीदृशपदार्थः?
तत्रापि वायवीयमस्ति, परन्तु केवलम् इन्द्रियस्य विषयं वदामः.
न, त्वग् इति वायुवीयपदार्थः इति आगतं, तर्हि भवता चिन्तनीयम् अस्ति यद् वायौ रूपमस्ति वा इति. रूपमस्ति वायौ?
वायौ न, इन्द्रियस्य विषये, केवलम् इन्द्रियस्य विषये वदामः चेत्
रूपं नास्ति. केवलम् इन्द्रियस्य विषये न वक्तुं शक्नुमः, यतोहि प्रत्येकम् इन्द्रियं कस्मिंश्चित् गणे अस्ति. वायुः इत्यस्मिन् गणे त्वगिन्द्रियम् अस्ति खलु. वायुः इत्यस्मिन् गणे त्वगिन्द्रियम् अस्ति इति कृत्वा वायोः ये गुणाः अथवा ये प्रापर्टीस् इति वदामः, वायोः प्रापर्टी किं? रूपरहितस्पर्शवान्. तादृशप्रापर्टि एव त्वगिन्द्रियस्यापि, रूपं न भवति. अनुद्भूतरूपम् इति भिन्नः विषयः, रूपं नास्ति एव इति पूर्णतया भिन्नः विषयः. वायुप्रभृतिद्रव्याणाम्, इन्द्रिय भवतु, शरीरं भवतु, विषयः भवतु, तेषां रूपमेव नास्ति इति वार्ता अस्ति. अस्तु, किञ्चित् अधुना अवयवपरम्परां परिशीलयिष्यामः, प्रायः स्पष्टः स्यात् सर्वं. तर्हि सन्ध्या भगिनी, 53 पुटे तत्र द्वितीयपरिच्छेदं पठति वा?
अस्ति तथापि इति वा? अस्ति तथापि श्रोत्रेन्द्रियम् आकाशरूपं, कुतः तन्नोक्तम् उच्यते? घ्राणेन्द्रियात् प्रभृति चतुर्णाम् इन्द्रियाणाम् उत्पत्तिः अवयवैः जायते. अत्र प्रक्रिया घटादिद्रव्ये यादृशी तादृशी एव. तथा हि द्वाभ्यां पृथिवीपरमाणुभ्यां पृथिवीद्व्यणुकम् उत्पद्यते, त्रिभिः द्व्यणुकैः त्र्यणुकम् उत्पद्यते, चतुर्भिः त्र्यणुकैः चतुर्णुकम् इत्येवम् अवयविनां घटादीनाम् उत्पत्तिः भवति. तत्र पृथिवीपरमाणुद्वयणुद्व्यणुकयोः उद्भूतरूपसत्त्वेपि परमाणुपरिमाणातिरिक्तपरिमाणाभावात् प्रत्यक्षं न भवतीति प्रागुक्तम्. त्र्यणुकात् प्रभृति चरमावयविपर्यन्तं सर्वेषु महत्त्वोद्भूतरूपयोः सत्त्वात् भवति तेषां प्रत्यक्षम्. एवं जलादौ. तर्हि अत्र घ्राणेन्द्रियात् आरभ्य, इत्युक्ते घ्राणम् अनन्तरं किं चतुर्णाम् इन्द्रियाणाम् इत्युक्ते घ्राणं रसनं चक्षु अनन्तरं त्वक् इति वा? तत्र श्रोत्रं नास्ति, अन्तर्भूतं नास्ति. तर्हि श्रोत्रस्य तत्र श्रोत्रेन्द्रियस्य आकाशरूपम् एव अस्ति. तर्हि तद् किमर्थमत्र न उक्तमस्ति इत्युक्ते, तत्र घ्राणेन्द्रियम् आरभ्य, तत्र घ्राणं रसनं चक्षुः त्वक् इति, तत्र तेषाम् उत्पत्तिः अवयवैः जायते. तत्र उदाहरणार्थं यथा घटस्य वा अन्यद्रव्यस्य तत्र अवयवैः तत्र उत्पत्तिः जायते. उदाहरणार्थं तत्र प्रथमं परमाणुः अस्ति, अनन्तरं तत्र द्व्यणुकम् इत्युक्ते परमाणुद्वयस्य समूहः इति कृत्वा भिन्न अवयवी अस्ति, भिन्नद्रव्यम् अस्ति. तर्हि तत्र पुनः त्रिभिः द्व्यणुकैः तत्र तेषां मेलनेन त्र्यणुकं, तथैव अग्रेति कृत्वा तत्र चरमावयवी इति घटः तावत्पर्यन्तं यथा उत्पत्तिः अस्ति, तथैव एतेषां चतुर्णामपि इन्द्रियाणाम् इत्युक्ते पुनः घ्राणस्य, रसनस्य, चक्षुषः त्वचः अपि उत्पत्तिः तादृशमेव भवति यथा घटादि द्रव्याणां भवति इति.
हा समीचीनम् इति अस्ति एव, किन्तु घटादिद्रव्याणां परमाणुषु रूपमस्ति इति कृत्वा घटादिद्रव्येषु रूपमस्ति. परन्तु यद्यपि ग्राणरसनचक्षुः इत्येषां परम्परा एवमेव अस्ति, तथापि रूपं न भवति तेषाम् इति अग्रिमः विचारः. अवयवपरम्परा तु समाना एव इन्द्रियाणामपि घटपटादीनां, किमर्थं नास्ति इति अग्रिमपरिच्छेदः. वर्धिनी भगिनी पठति वा?
आम् भगिनि. परन्तु घ्राणादि इन्द्रियाणां चतुर्णामिति चतुर्णामपि इन्द्रियान्तरेण स्वेन वा प्रत्यक्षं न भवति इति आनुभविकं, तन्निर्वाहाय तेषाम् अवयव परम्परायां द्वयणुक आदिषु कुतश्चित् विरोधवशात् उद्भूतरूपं न उत्पद्यते इति स्वीक्रियते. घ्राणादि इन्द्रियाणां चतुर्णाम् अपि इन्द्रिय अन्तरेण
घ्राणादि इन्द्रियाणां घ्राणादि इन्द्रियाणां चतुर्णाम् इत्युक्ते घ्राणं रसन चक्षुः त्वक् एतेषाम् इन्द्रियाणां प्रत्यक्षं भवति वा? प्रत्यक्षं न भवति इति आनुभविकं खलु?
इत्युक्ते
इन्द्रियान्तरेण नाम गुडः तस्य रसं गृह्णाति, रसनं इन्द्रियान्तरं कृत्वा चक्षुः गृह्णाति रूपं, तथा न भवति इन्द्रियाणां. किमर्थम् इति अग्रिमवाक्यमस्ति, तत् पठतु.
तन्निर्वाहाय तेषाम् अवयवपरम्परायां द्वयणुकादिषु कुतश्चित् विरोधवशात् उद्भूतरूपं न उत्पद्यते इति स्वीकृत्य विरोधरूपम् अस्ति.
अवयवपरम्परा समाना, परन्तु तस्यां परम्परायां विरोधः अस्ति, प्रत्यक्षस्य विरोधः अस्ति इति कृत्वा उद्भूतरूपं न वर्तते. सत्यं, वस्तुतः ग्राणादीन्द्री चतुर्णाम् इति न वक्तव्यं, यतोहि त्वक् इत्यस्मिन् रूपमेव नास्ति, वायवीयम् इन्द्रियं न वक्तव्यमासीत्, किन्तु उक्तवन्तः. यत्किमपि भवतु, अवयवपरम्परायां विरोधवशात् उद्भूतरूपं नास्ति इन्द्रियाणाम्. अस्तु, अग्रे पठतु भगिनि.
किमिदम् उद्भूतरूपम् उच्यते, द्विविधं हि रूपम् उद्भूतम् अनुद्भूतं च, येन द्रव्यप्रत्यक्षं भवति तदुद्भूतं, यस्मिन् सति अपि द्रव्यप्रत्यक्षं न भवति तत् अनुद्भूतं. घटादौ उद्भूतरूपं, घ्राणादौ अनुद्भूतम्. उद्भूतरूपमिति उक्ते द्रव्यप्रत्यक्षं,
हा येन द्रव्यप्रत्यक्षं भवति तदुद्भूतम्. अनुद्भूतम् इत्युक्ते
द्रव्यप्रत्यक्षं न भवति.
सत्यं, नाम तत्र मुख्यविषयः अस्ति यस्मिन् सत्यपि इति मुख्यविषयः. यस्मिन् सत्यपि इत्युक्ते रूपं सत्यपि प्रत्यक्षं न भवति,
उद्भूतरूपं नास्ति,
प्रत्यक्षं न भवति इति
उद्भूतरूपं न अनुभवति.
रूपम् अस्ति किन्तु प्रत्यक्षं न भवति इति अनुद्भूतरूपं.
घटादौ उद्भूतरूपं,
घ्राणादौ
घटः घ्राणादौ अनुद्भूतम् अस्ति अनुद्भूतम् अस्ति.
हा ग्राणं ग्राणे रूपम् अस्ति, रमरूपस्य बीजं तु अस्ति अस्ति एव, परन्तु प्रत्यक्षं न भवति इति अनुद्भूतरूपम् अस्ति.
घटादौ उद्भूतरूपं,
हा समीचीनमस्ति.
एवं च घटावयव परम्परा गत पञ्चाणुक आदिवत् इमानि इन्द्रियाणि अपि महत्त्ववन्ति मध्यमपरिमाणवन्ति. परन्तु उद्भूतरूप अभावात् अतीन्द्रियत्वं सिद्ध्यति. घटादि वस्तूनि मध्यमपरिमाणं
यथा घटादि वस्तुनः तद्वदेव मध्यमपरिमाणवन्ति इन्द्रियाणि, परन्तु उद्भूतरूपं नास्ति इति कृत्वा अतीन्द्रियत्वम् आगच्छति इति.
अतीन्द्रियत्वं
समीचीनं. वयं दृष्टवन्तः भगिनि कस्य कस्य श्रेण्यां किं किम् इन्द्रियम् इति जानीमः एव, तावदेव अस्ति अग्रे. अस्तु, अग्रे अन्तिमः एकः प्रश्नः आगच्छति खलु, श्रोत्रेन्द्रियस्य कीदृशपरिमाणम्, अपि च यथा महोदय पृष्टवान् एकः शब्दं शृणोति अपरः न शृणोति, तस्य उत्तरं किम् इति अग्रिमपरिच्छेदद्वयमस्ति. लक्ष्मी भगिनी पठितुम् इच्छति वा?
आं भगिनि, कस्मिन् पुटे? चतुर् पञ्चाशत् पुटे.
हा, चतुर्पञ्चाशत्तमे पुटे.
तत्र परन्तु कस्यचित् पुंसः एव शब्दप्रत्यक्षं तस्मात् ततः आरभ्य
तस्मात् पूर्वं यः परिच्छेदः.
अस्तु, एतादृशो उत्पत्तिपरम्परा न श्रोतेन्द्रिये घटते तस्य आकाशरूपस्य स्वीकारात् आकाशस्य एकत्वेन परमाणुद्वयणुकादिपरम्परया श्रोत्रस्य उत्पत्तिः न सम्भवति. अतः श्रोत्रस्य नित्यत्वात् इतरजन्येन्द्रियत्यवत् अस्य पृथक् पृथक् उल्लेखः न कृतः. अस्तु, तर्हि पृथ्व्यादि पृथ्वीजलवायुतेजः तेषां उत्पत्तिपरम्परायां परमाणुतः आरम्भं भवति, किन्तु अत्र श्रोत्रेन्द्रिये तथा न भवति. किमर्थं चेत् आकाशः विदुः एकः च तस्य परम्परा तस्य अवयवः एव नास्ति इति कृत्वा आकाशस्य एकत्वेन परमाणुद्वयणुकादिपरम्परया श्रोतस्य उत्पत्तिः न सम्भवति. परमाणुपरम्परया श्रोत्रेन्द्रियस्य उत्पत्तिः न भवति इति अत्र आशयः. किमर्थं चेत् आकाशस्य एकत्वेन आकाशस्य अवयवः न अस्ति इति कृत्वा
इति कृत्वा नित्यत्वम् आगतं श्रोत्रस्यापि. नित्यत्वम् इत्युक्ते कीदृशपरिमाणं भगिनि?
नित्यत्वम् इत्युक्ते परमाणुपरिमाणम्
अथवा परममहत् खलु, उभयोः मध्ये
परममहत्
एकत्र भवेत्. वयं जानीमः यद् शब्दस्य परमाणुपरिमाणं तु नास्ति, यतोहि आकाशस्वरूपः, क्षम्यतां, श्रोत्रस्य. तर्हि परममहत् परिमाणमेव भवेत्. अपि च जन्यता नास्ति, शरीरेन्द्रियविषयभेदात् इति कृत्वा तत्र उल्लेखः अपि नास्ति तदर्थम् आकाशस्य लक्षणवाक्ये. एतत् सर्वं मनसि निधाय श्रोत्रस्य नित्यत्वम् अपि च परममहत् परिमाणमेव स्यात् इति आगच्छति. परन्तु अग्रे प्रश्नः अस्ति यद् अस्तु परिममहत् परिमाणम् अस्ति चेत् एकेन जनेन यद् श्रूयते तद् अपरेण न श्रूयते, किमर्थम् इति उत्तरम् अग्रे अस्ति. पठति वा?
परन्तु कस्यचित् पुंसः एव शब्दप्रत्यक्षम् अन्यस्य न इति व्यवस्थानिर्वाहाय तत् शरीरभेदेन श्रोत्रेन्द्रियाणि अपि अनन्तानि साधनीयानि. अतः कर्णशुष्कुली कर्णपुटं सर्वत्र विद्यमानस्य आकाशस्य अवच्छेदकं भेदकं भवति इति कल्प्यते इत्यलम्. अस्तु, अस्तु, कोऽपि पुरुषः कश्चन पुरुषः किमपि शब्दं शृणोति, किन्तु अन्यपुरुषः सः एव तत् ते तच्छब्दमेव न शृणोति इति कृत्वा तेषां तयोः मध्ये श्रोत्रे तयोः मध्ये श्रोत्रेन्द्रियाणि इन्द्रियोः भेदः प्रायः स्यात् इति निष्पन्नः भवति. इत्युक्ते अनन्तानि साधनीयानि अपि श्रोत्रेन्द्रियाणि अपि श्रोत्रेन्द्रियाणि एकः नास्ति किन्तु अनन्तानि इत्युक्ते
यथा मनः अनन्तानि सन्ति. यद्यपि आकाशः एकः एव, श्रोत्रमपि आकाशरूपं सत् एकमेव इति वक्तुं शक्नुमः, परन्तु व्यवहारसौकर्यार्थं कस्यचित् पुंसः एव शब्दप्रत्यक्षं भवति अपरस्य न इत्यस्य निर्वाहाय किं कुर्वन्ति, श्रोत्रेन्द्रियाणि अनन्तानि भवन्तु शरीरभेदेन इति वदन्ति. इन्फैनैट् भगिनि, यावन्ति शरीराणि तावन्ति श्रोत्रेन्द्रियाणि.
अस्तु अस्तु, अत्र संख्यावाचक इन्फिनिटि इति इत्युक्ते आकाशवत् नास्ति, विभुः नास्ति, केवलम् अनन्तानि.
विभुः अस्ति, एकनिमिषः, विभुः अस्ति किन्तु तादृशी व्यवस्थापने व्यवस्था स्वीक्रियते चेत् व्यावहारिकनिर्वाहः न भवति खलु. अहं यत् शृणोमि भवती न शृणोति, तत् तस्य समर्थनं कथं कुर्वन्ति? नाम यथा मनसः अनन्तमनांसि सन्ति इति अभवत् तद्वदेव श्रोत्रेन्द्रियाणामपि तादृशविभजनम्. यद्यपि आकाशरूपः विभुः नित्यम् एतत् सर्वं सत्यं, किन्तु व्यवहारसौकर्याय तथा कुर्वन्ति इति. अस्तु,
अतः कर्णशुष्कुली कर्णषट्कुली कर्णषट्कुली कर्णपुटं सर्वत्र विद्यमानस्य आकाशस्य अवच्छेदकं भेदकं भवति इति कल्प्यते इत्यनम्. अतः कर्णे विद्यमान कर्णपुटं षष्कुली कर्णषष्कुली
इत्युक्ते
अस्तु
तर्हि
तदेव आकाशस्य अवच्छेदकं भेदकं
उपाधिः
आम् अस्तु
इति
उपाधिः भवति इति कल्प्यते इत्यनम्.
उपाधिरूपेण कर्णशुष्कुलीम् उपाधिरूपेण स्वीकृत्य अनन्तानि श्रोत्रेन्द्रियाणि निर्मितानि भवन्ति व्यवहारसौकर्येन.
उपाधिभेदेन प्रत्येकं पुरुषः भिन्नभिन्न शब्दाः शृण्वन्ति.
सत्यम् इति ते समर्थयन्ति तथा. इति आसीत् अन्तिमः एकः विचारः. अस्ति अजितमहोदय अस्ति वा? अस्तु, प्रायः नास्ति इति भाति, अहमेव किञ्चित् वदामि. तर्हि द्विपञ्चाशत्तमे पुटे यत्किमपि अस्ति, वयम् अधिकाधिकं सर्वं चर्चितवन्तः, परन्तु एतद् वक्तव्यमस्ति यत् आकाशः वायुः इति द्रव्यद्वयम् अनुमानेन साधितमस्ति. अस्तु, तस्य प्रत्यक्षं न भवति, आकाशः अतीन्द्रियः प्रत्यक्षं न भवति, परन्तु शब्दः इति गुणः अस्ति. शब्दरूपगुणस्य आश्रयः कः इति चिन्तयित्वा अस्तु नूतनं किमपि द्रव्यम् आवश्यकम् इति कृत्वा आकाशः आगतः, वायुः अपि तथा. पृथिव्यां यादृशस्पर्शः अस्ति तादृशस्पर्शः नास्ति. अस्तु, जले यादृशस्पर्शः तदपि नास्ति, तेजसि यादृशस्पर्शः तदपि नास्ति, कश्चन विलक्षणस्पर्शः अनुभूयते वायोः. तर्हि तादृशविलक्षणस्पर्शस्य आश्रयः कः इति चिन्तयित्वा अनुमानेन वायुः इति द्रव्यम् आगतमस्ति. तदनन्तरं वदन्ति यत् अस्तु अनुमानेन सिद्धमस्ति, अनुमानेन सिद्ध्यमानद्रव्ये लाघवं गौरवम् इति आगच्छति. लाघवम् इत्युक्ते बुद्धेः सौकर्यम् अवगमनार्थम्. आकाशः इति पदार्थं कल्पयित्वा अनुमानेन आकाशस्य बहुत्वसाधनाय युक्तिः न दृश्यते चेत् आकाशम् एकमेव भवतु इति सौकर्येण वदन्ति. तदेव बुद्धेः लाघवम् इति उच्यते. परन्तु वायोः स्तरे तथा नास्ति, यतोहि वायोः भेदम् अनुभवामः. शरीरान्ते एकः वायुः अस्ति, शरीरात् बहिः वृक्षादिकम्पनहेतुः एकः वायुः अस्ति इति कृत्वा वायोः नानात्वम् आगच्छति. प्रथमम् अनुमानेन सिद्ध्यति, अनुमानेन सिद्ध्यति इति कृत्वा पुनः अनुमानं कर्तव्यं भवति नानात्वमस्ति वा इति. तादृश बुद्धेः क्लेशः गौरवम् इति तैः उच्यते. तर्हि अनुमानेन यदा सिद्ध्यति लाघवं गौरवम् इति आगच्छति. अनुमानेन सिद्ध्यमानपदार्थस्य नित्यत्वम् एकत्वम् इति अस्ति चेत् तत्र लाघवं. वायोः विषये नित्यत्वमपि नास्ति, अपि च नानात्वमति अपि अस्ति इति अनुमानेन सिद्ध्यन्ति अनुभवस्य आधारेण. तत्र बुद्धेः किञ्चित् क्लेशः भवति इति तदेव गौरवम् इति ते वदन्ति. तर्हि आहत्य आकाशः वायुः अनुमानेन सिद्ध्यमाने द्रव्ये, तथा एव मनः अपि. अस्माभिः सुखदुःखं सुखं दुःखम् इत्यादिकम् अनुभूयते. कथम् अनुभूयते इति चेत् मनः इति कश्चन अस्ति पदार्थः, तादृशम् इन्द्रियमस्ति चेत् तेन इन्द्रियेण एते गुणाः गृह्यन्ते इति अनुमानं कृत्वा मनः इति एकं द्रव्यमपि सिद्ध्यति. मनः इन्द्रियमपि अस्ति, द्रव्यमपि अस्ति इति वार्ता. अपि च मनः अनन्तानि सन्ति, यथा श्रोत्रेन्द्रियं तथा अनन्तानि मनांसि. अत्र किमपि चिन्तनमस्ति वा अथवा प्रश्नः कोऽपि?
भगिनी, एकमेव चिन्तनं. यद्यपि श्रोत्रियस्य श्रोत्रेन्द्रियम् आकाशस्वरूपं, यद्यपि आकाशः एकः एव, किन्तु यत्र यत्र आकाशः अस्ति तत्सर्वं श्रोत्रेन्द्रियम् इति वक्तुं न शक्नुमः. यदा यत्र कर्णशष्कुलि अवच्छिन्न आकाशः अस्ति तदेव श्रोत्रियम्. अतः श्रोत्रेन्द्रियस्य विभुत्वमस्ति इति न वक्तुं शक्नुमः इति अहं चिन्तयामि. आकाशस्य विभुत्वम् अस्ति किन्तु श्रोत्रेन्द्रियस्य विभुत्वं नास्ति. यत्र कर्णशष्कुलि अवच्छिन्न आकाशः अस्ति तत्र एव श्रोतेन्द्रियम् अस्ति.
अस्तु, हा हा, अस्तु. तर्हि
यदा यदा नासाग्रवर्ति जिह्वाग्रवर्ति इति अन्य इन्द्रियाणां विषये वयं वदामः तादृशम्.
एतदपि वदन्ति यद् शब्दः इति गुणः खलु. अमेरिकादेशाया देशे यः शब्दः अस्ति तद्वस्तुतः भारतदेशे अपि अस्ति, यतोहि आकाशः एकः एव. तस्मिन् शब्दः इति यः गुणः अस्ति तस्य गुणस्यापि विभजनं नास्ति, सर्वत्र अस्ति इति तेषाम् अनुमितिः. तथा चेत् श्रोत्रेन्द्रियमपि शब्दग्राहकं सर्वत्र स्यात् इति.
शब्दग्राहकं स्यात् किन्तु तत्र यत्र भवति तत्र एव ग्राहकशक्ति अस्ति.
हा, यत्र भवति तर्हि तत्र भवति, यत्र भवति इति प्रश्ने कृते कुत्र भवति इति प्रश्नः आगच्छति, शब्दः खलु. हा, तदर्थं महोदयेन उक्तमासीत् यत् कुत्र भवति इति प्रश्ने कृते आकाशे अस्ति चेत् सर्वत्र अस्ति इति तेषां मतं, यतोहि आकाशस्य खण्डनं न क्रियते इति. भारते यः शब्दः अस्ति तद् अमेरिकायां न श्रूयते इति सत्यं, परन्तु शब्दः इति कश्चन गुणः आकाशे सर्वत्र अस्ति इति कृत्वा तद् ग्राहकम् इन्द्रियमपि स्यात्. शब्दग्राहकम् इन्द्रियम् अस्माभिः न श्रूयते इति भिन्ना वार्ता.
आम्
इति
सत्यमेव. हा, तत्तु सत्यमेव, किन्तु तदर्थं श्रोत्रियं श्रोत्रेन्द्रियस्य विभुत्वं वक्तव्यम् इति किमपि आवश्यकता नास्ति किल. तावदेव मम चिन्तनं. शब्दस्य आकाशयोः शब्द आकाशयोः मध्ये समवायसम्बन्धः अस्ति. अतः यत्र यत्र आकाशः भवति तत्र तत्र शब्दः भवेत् एव. किन्तु श्रोत्रं श्रोत्रम् इति इन्द्रियं कुत्र वर्तते? कर्णशष्कुली अवच्छिन्न आकाशे एव वर्तते. अतः श्रोत्रेन्द्रियस्य विभुत्वं न वक्तव्यम् इति न तत्र आवश्यकता नास्ति इति मम चिन्तनम्. श्रोत्रेन्द्रियं तु युनो
अस्तु अस्तु महोदय, किन्तु एकनिमिष, समयः जातः इति जानामि. वयम् अत्र चर्चयामः, चिन्ता नास्ति, किन्तु पूर्वतटीयानां कृते बहु समयः जातः. गन्तुम् इच्छति चेत् गच्छन्तु.
आं भगिनि, एकमेव वदामि, सर्वत्र अपि च सर्वदा अपि नित्यद्रव्यं खलु. शब्दः अपि यदा एकं शब्दं वदामः तत् सर्वदा भवति आकाशे.
सत्यम् इत्येव वार्ता अस्ति. यद्यपि न श्रूयते अमेरिकादेशस्य, भारते भारतदेशस्य, अमेरिकायां तथा अस्ति इति सत्यं. महोदय, भवान् वदतु भगिनि.
सर्वदा इति सर्वत्र अपि च सर्वदा.
हा, सर्वदा सर्वत्र इति सत्यं. महोदय किं वदति इति चेत्, कर्णपुटेन अवच्छिन्न आकाशः एव श्रोत्रम् इति महोदय वदति. तथा वदति चेत् श्रोत्रेन्द्रियस्य मध्यमपरिमाणम् आगच्छति खलु महोदय? हा, मध्यमपरिमाणं न अङ्गीक्रियते, यतोहि आकाशः इति नित्यद्रव्यं, तद्वद् श्रोत्रमपि नित्यद्रव्यं. तर्हि नित्यद्रव्यस्य जननं नाशः नास्ति. मध्यमपरिमाणम् इति आगच्छति चेत् जन्यता आगच्छति. तत् नास्ति,
तदेव मम श्रोत्रेन्द्रियस्य उत्पादनमपि भवति. यदा कर्णशष्कुलीः उत्पाद्यं भवति तदा एव श्रोत्रेन्द्रियस्य उत्पादनमपि भवति. एकः जीवः न उत्पाद्यते
चेत्, तर्हि मम प्रश्नः अस्ति यत् श्रोत्रम् उत्पादयति इत्युक्ते तस्य नाशः भवति. उत्पादनम् इत्युक्ते किं? तस्मिन् प्रागभावः अस्ति इति आगच्छति खलु. प्रागभावस्य आनयनेन श्रोत्रस्य नित्यत्वं नश्यति.
अहं तदेव पृच्छामि भगिनि, श्रोत्रेन्द्रियं नित्यं नास्ति इति मम पक्षः.
यदा भवान् वदति, शब्दः सर्वत्र अस्ति, सर्वदा अस्ति, अपि च समवायेन आकाशे स्थितः, तत्र कथं वदामः शब्दः अस्ति? श्रोतृः अस्ति एव वदामः खलु. तदर्थमेव
अन्य उदाहरणं दास्यामि. घटाकाशः इति वयं चिन्तयामः. यदा घटस्य उत्पादनं भवति तदा एव घटाकाशः इति वयं व्यवहारं कर्तुं शक्नुमः. आकाशस्तु नित्यमेव, किन्तु घटाकाशः, घटावच्छिन्न आकाशः, तस्य उत्पादनं घट उत्पादनसमये एव
इति सत्यं. परन्तु अत्र उत्पादनं कस्य जायते इति चिन्तनीयम्. उत्पादनं न जायते आकाशस्य, घटस्य उत्पादनं जायते उपाधिरूपेण खलु.
आम्,
अत्रापि कर्णशष्कुलि इति यद् पार्थिवपदार्थः अस्ति, कर्णपुटम् इति पार्थिवपदार्थः, न तु आकाशपदार्थः, घटवत् कर्णशुष्कुलि इति बाडि पार्ट् अथवा आर्गन् यदस्ति तस्य उत्पादनं भवति. तस्य उत्पादनेन श्रोत्रेन्द्रियम् अवच्छिन्न भवति, परन्तु श्रोत्रेन्द्रियस्य उत्पादनं न भवति.
तस्य उत्पादनेन श्रोत्रेन्द्रियस्य अवच्छेदनं न, आकाशस्य अवच्छेदनं भवति, किन्तु तद्वयोः मिलित्वा एव श्रोत्रेन्द्रियम् इति तस्य संज्ञा
अस्तु इति भवतः मतम्. परन्तु अत्र तु
नो चेत् श्रोत्रियस्य आकाशस्य च भेदः अपि वयं न वक्तुं शक्नुमः.
हा, अत्र एतेषां तथा अस्ति मतं. श्रोत्रं नित्यम्, आकाशस्वरूपम् इति तेषां मतम्. इत्युक्ते आकाशात् भिन्नः नास्ति, श्रोत्रम् आकाशं स्वरूपमेव इति तेषां मतम्.
नो चेत् आकाश शब्दः समवायेन आकाशे स्थितः, तयोर्भेदनं कर्तुमेव न शक्नुमः. शब्दः तत् समवायेन आकाशे स्थितः खलु. तदर्थं शब्दः नित्य अपि च आकाशः नित्य अपि च सर्वदा सर्वत्र इत्युक्ते
शब्दम् इत्युक्ते तत् गुणः तत्
परन्तु समवायेन आकाशे अस्ति गुणिगुणिनोः समवाय
तत्र किं समस्या शब्दः गुणः तत् समवायसम्बन्धेन आकाशे वर्तते सर्वदा सर्वत्र वर्तते भवतु किन्तु इन्द्रियं कुत्र अस्ति कर्णशष्कुलिनभः एव कर्णशष्कुलि अवच्छिन्न आकाश
भवतः उदाहरणं तथा अस्ति परन्तु एतेषां मतानुगुणं श्रोत्रेन्द्रियम् आकाशदेशे एव वर्तते तर्हि श्रोत्रेन्द्रियम् आकाशे एव अस्ति अधुना कर्णशुष्कुलि घटवत् जायते जन्यं घटवत् तत्तु पार्थिवं तेन पार्थिवपदार्थेन श्रोत्रेन्द्रियम् अस्माकम् अनुभवस्य परिधौ आगच्छति शब्दं शृणुमः इति सत्यं परन्तु श्रोत्रेन्द्रियम् आकाशदेशे एव पञ्चाशत्तमे पुटे तथा एव ते वदन्ति अत्रापि श्रोत्रेन्द्रियस्य नित्यत्वं ते साधयन्तिरेव अस्तु तर्हि प्रश्नः समीचीनः अहं लिखामि सर्वम् अत्र लिखन्ति अस्ति तर्हि महोदयस्य
ते वदन्ति किन्तु तत्र मम किञ्चित् समस्या अस्ति इत्येव
बहुत्र
मम एकः प्रश्नः अस्ति किन्तु प्रायः अधुना समयः नास्ति तत्र कालिकसम्बन्धमपि स्वीकरणीयं किल शब्दः सर्वदा आकाशे वर्तते इति तत् कथं वा स्वीकर्तुं शक्यते
कालिकसम्बन्धः सर्वदा इति वदामश्चेत् कालः आगच्छति तत्तु भिन्नवार्ता परन्तु काले कालिकसम्बन्धेन अस्ति इति सत्यम् आकाशे समवायसम्बन्धेन भवति
यदा भगिनि गुणिगुणिनोः भेदः कर्तुं शक्यते वा आकाशः अपि च शब्दस्य पृथक् पृथक् कर्तुं शक्यते वा
भवती किं चिन्तयति न खलु यत्र समवायः आगच्छति तत्र पृथक्करणमेव अशक्यम्
अशक्यम् आम् तदर्थमेव वदामि शब्दः अस्ति चेत् सः कः वदति शब्दः अस्ति तत्र कर्णेन्द्रियं भवति एव
सत्यं श्रोत्रेन्द्रियं भवति एव किन्तु अस्माकम् अनुभवस्य सीमायाम् अथवा परिधौ वितिन् द स्पियर् आफ़् आर् एक्स्पीरियन्स् श्रोत्रं तदा आगच्छति यदा कर्णशुष्कुलि इति जन्यः भवति इति मम चिन्तनम्
अस्तु आङ्ग्लभाषायामपि अस्ति खलु ट्री फाल्स् इन् द फारेस्ट् अण्ड् इफ् देर् इस् नोबडि टु हियर् इट् डिड् इट् रियलि मेक् अ सौण्ड्
नो बट् द फ्रीक्वेन्सि आफ् द सौण्ड् वेरीस् एण्ड् सो एव्रि द पर्सेप्शन् आफ् द सौण्ड् डिफर् लैक् अल्ट्रा साउण्ड् एण्ड् आल् दोस् थिङ्ग्स् लैक् सोनिक् वेव्स् अल्ट्रा वेव्स् All those are different, you know.
Yatra yatra shabdaha bhavati, tatra tatra, yatra yatra shabdasya anubhavaha bhavati, tatra tatra shrote indriyam bhaveteva, kintu yatra yatra shabdaha bhavati, tatra tatra shrote indriyam bhavetiti niyamaha nasti.
Yaha
shrunoti va, na shrunoti va, shabdaha bhavati.
शब्दः भवति श्रोत्रमपि भवति नित्यत्वेन इति तेषां मतमस्ति
तत्रैव भवतु भगिनि
अस्तु अस्तु समीची चर्चा समीचीना एव आसीत् तर्हि अत्र विरमामः अग्रिमसप्ताहे मिलामः शुभरात्रिः शुभदिनं
धन्यवादः
धन्यवादः